सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतं. मङ्गलाचरणं कुर्मः, पश्चात् पाठं प्रति सरेम. एकवारं स्मारयतु.
ॐ श्रीगुरुभ्यो नमः. येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन थौदागिरः पुंसा विमलै शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं. श्रीगुरुभ्यो नमः.
धन्यवादाः. अष्टाध्याय्यां प्रत्ययः, प्रक्रिया च, समग्रदृष्टिः इति पाठः प्रवर्तमानः अस्ति. विषयः तु गते वर्गे एव आरब्धः. अस्मिन् करपत्रे चित्रद्वयं स्थापितमस्ति. एतत् चित्रद्वयं सर्वदा मनसि स्थापनीयम्. चित्रयोः आधारेण अष्टाध्यायीग्रन्थे सूत्राणि प्रवर्तन्ते. एतस्य सूत्रद्वयस्य आधारेण सूत्राणि प्रवर्तन्ते. अतः इदं चित्रद्वयं मनसि स्थापनीयं. चित्रद्वयं मनसि अस्ति चेत् रूपसाधनवेलायां सौलभ्यं भवति, अपि च मनसि स्पष्टता जायते. कीदृशी स्पष्टता इत्युक्ते, यः कोऽपि शब्दः भवतु, यत् किमपि पदं भवतु नाम, प्रकृतिप्रत्ययविभागं कुर्मः खलु, प्रत्येकं पदस्य प्रकृतिप्रत्ययविभागं कुर्मः खलु, तादृशसमये इदं चित्रद्वयं मनसि अस्ति चेत् बहु सौलभ्याय भवति. तस्मिन् पदे प्रकृतिः का, प्रत्ययः कः इति अवगमनम् आवश्यकम्. सुबन्तपदमस्ति चेत् प्रातिपदिकं किमस्ति, प्रातिपदिकस्य अनन्तरं कीदृशप्रत्ययः अस्ति तत्र, ईदृशम् अभिज्ञानम्, अभिज्ञानम् इत्युक्ते रेकग्निशन् आवश्यकमस्ति. प्रातिपदिकस्य अनन्तरं कीदृशप्रत्ययः अस्ति, प्रत्ययस्य स्वभावः कः. एवमेव तिङन्तपदरूपसाधनवेलायाम् इत्युक्ते क्रियापदस्य रूपसाधनवेलायां तत्र धातुः कः, धातोः परं कीदृशप्रत्ययः अस्ति इति अभिज्ञानम् आवश्यकम्. तदर्थम् एतत् चित्रद्वयं सहकरोति. विशेषतया प्रत्ययानां स्वभावम् अवगन्तुम् इदं चित्रद्वयम् अपेक्षितमस्ति. अपि च प्रक्रिया कीदृशी अस्ति, प्रत्येकं पदं स्वीकृत्य वयं चिन्तनं कुर्मः. यस्य कस्यापि पदस्य रूपसिद्धौ तत्र प्रक्रिया कीदृशी अस्ति, सार्वधातुकप्रक्रिया अस्ति वा, आर्धधातुकप्रक्रिया अस्ति वा इति विषयः मनसि झटिति स्फुरति चेत् रूपं बहु सुलभतया साधयितुं शक्नुमः. तादृशम् अभिज्ञानम् आवश्यकमस्ति. तदर्थम् इदं चित्रद्वयं मनसि स्थापनीयम्. प्रकृतिप्रत्यययोजनेन पदनिर्माणं भवति. प्रकृतेः परं कीदृशप्रत्ययः अस्ति, प्रत्ययस्य स्वभावः कः इति ज्ञानं लभ्यते अनेन चित्रद्वयेन. अपि च गते वर्गे प्रथमं चित्रं वयं दृष्टवन्तः, तस्मिन् प्रसङ्गे चिन्तनमपि वयं कृतवन्तः. अद्य द्वितीयं चित्रमपि मनसि निधाय चिन्तनं कुर्मः. अभ्यासं तु आगामिन्यां कक्षायां करिष्यामः. अद्य तु केवलं चिन्तनं कुर्मः. इदं चित्रद्वयं मनसि निधाय अस्मिन् अवसरे के विषयाः ज्ञातव्याः, स्मर्तव्याः इति अवगन्तुं कांश्चन लघुप्रश्नान् पृच्छामि. उत्तराणि दातुं प्रयत्नं कुर्वन्तु. चित्रद्वयं मनसि स्थापयन्तु आदौ. तेन सुलभतया मम प्रश्नानाम् उत्तराणि दातुं शक्नुवन्ति भवन्तः. सत्यभामा भगिनी, भवती वदतु. अत्र आदौ प्रत्ययः इति लिखितमस्ति, प्रत्ययाधिकारः कुत्र अस्ति?
प्रत्ययाधिकारः अष्टाध्यायां तृतीयाध्याये वर्तते.
केवलं तृतीयाध्याये वा?
तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये,
त्रिषु अध्यायेषु प्रत्ययाधिकारः अस्ति. प्रत्ययाधिकारे कस्मात् प्रत्ययाः विधीयन्ते, प्रत्ययाधिकारे केभ्यः अथवा कस्मात् प्रत्ययानां विधानं भवति?
धातुतः अपि च प्रातिपदिकात्.
उत्तमं. प्रत्ययाधिकारे धातुतः प्रत्ययाः विधीयन्ते, प्रातिपदिकात् प्रत्ययाः विधीयन्ते, भिन्नभिन्नप्रत्ययाः सन्ति, भिन्नभिन्नप्रत्ययान् योजयितुं भिन्नभिन्नसूत्राणि सन्ति प्रत्ययाधिकारे. अयम् अधिकारः त्रिषु अध्यायेषु अस्ति. अत्र सारांशः कः? सर्वदा प्रत्ययः प्रकृतेः परम् आयाति. प्रकृतिः इति कथनेन प्रातिपदिकं वा भवतु, धातुः वा भवतु, प्रातिपदिकात् परं प्रत्ययः आयाति, धातोः परं प्रत्ययः आयाति. धातुः इति लिखितम् अस्ति. कति धातवः सन्ति संस्कृतभाषायां?
द्विसहस्रं धातवः सन्ति.
तथा वदामः वा?
प्रायः द्विसहस्रः इति.
उपद्विसहस्रम्. उपद्विसहस्रं. सुन्दरमहोदय, भवान् वदतु, उपद्विसहस्रम् इति कथनेन अर्थः कः?
द्विसहस्रम् इति कथनेन पञ्च अधिकात् चत्वारिंशत् द्विसहस्रं दातवः सन्ति.
उपकृष्णम् इति कथनेन विग्रहवाक्यं किं भवति?
कृष्णस्य समीपम् इति. द्विसहस्रस्य समीपम् इति अर्थः सिद्ध्यति.
उत्तमम्. एक्साक्ट्लि 2000 न सन्ति, उपद्विसहस्रं सन्ति, खलु?
आं भगिनि.
सत्यभामा भगिनी, भवती वदतु, उपद्विसहस्रं धातूनाम् आवलिः अस्ति खलु, आवलिः कुत्र लभ्यते?
धातुपाठे लभ्यते.
पाणिनेः धातुपाठे उपद्विसहस्रं धातूनाम् आवलिः अस्ति. औपदेशिकधातूनाम् आवलिः पाणिनीयधातुपाठे लभ्यते. स्वराङ्कितधातुपाठः अस्ति. तेन कः लाभः स्वराङ्कितधातुपाठस्य? प्रयोजनं किम्?
तस्य आधारेण वयं धातुः कीदृशः धातवः इति ज्ञातुं शक्यते. अनुदात्तः वा, स्वरितः वा, उदात्तः वा इति ज्ञातुं शक्यते. तदनुसृत्य यत्र तत्र अनुदात्तः अस्ति, अनुदात्तम् इद आत्मनेपदम् इत्यनेन तेभ्यः आत्मनेपदिधातवः भवन्ति. स्वरितनिदात्मनेपद स्वरितनिदकर्त्राभिप्रायक्रियापदे इति सूत्रेण उभयपदित्वं भवति. यत्र स्वरितदातवः सन्ति, अन्ये ये उदात्तः सन्ति, तेषां परस्मैपदसंज्ञः प्राप्यते.
उत्तमम्. इत्युक्ते धातूनां पदव्यवस्था ज्ञायते. स्वराङ्कितधातुपाठं पश्यामश्चेत् धातूनां पदव्यवस्था, आत्मनेपदि धातुः वा, परस्मैपदि वा, उभयपदि वा, एतादृशविषयः ज्ञायते. इड् व्यवस्था अपि ज्ञायते इति स्वराङ्कितधातुपाठं पश्यामश्चेत् अवगन्तुं शक्नुमः. औपदेशिकधातूनां धातुसंज्ञा केन सूत्रेण दीयते?
सनाद्यन्तदातवः इत्यनेन सूत्रेण औपदेशिकधातूनां धातुसंज्ञा.
न
भू आदयो दातवः इति सूत्रेण औपदेशिकधातवः.
नीलं भगिनी, भवती वदतु, भुवादयो धातवः इति सूत्रेण किमुच्यते, सनाद्यन्ताधातवः सूत्रेण किमुच्यते?
भुवादयः धातवः इत्युक्ते भू आदिधातवः ये धातुपाठे सन्ति, तेषां संज्ञा धातु इति भवति. सनाद्यन्तः धातवः इत्युक्ते यस्य अन्ते सनादिप्रत्ययः विधीयते ते अपि धातुसंज्ञकः भवति सनादिधातवः इति सूत्रेण. सो ते अतिदेशिकधातवः, परन्तु भूवादिधातवः औपदेशिकधातवः.
उत्तमं, बहु सम्यक् उक्तवती. पाणिनिना धातुपाठे उपदिष्टाः ये धातवः सन्ति, पाणिनिना उपदिष्टाः ये धातवः पाणिनेः धातुपाठे सन्ति, ते सर्वे औपदेशिकाः. उपदेश इति शब्दात् औपदेशिक इति पदं साधितमस्ति. औपदेशिकधातवः उपद्विसहस्रं सन्ति. धातोः अनन्तरं धातुप्रत्ययाः सन्ति, सनादिधातुप्रत्ययाः सन्ति चेत् तदा नूतनधातोः निर्माणं कर्तुं शक्नुमः धातुप्रत्ययानां योजनेन. औपदेशिकधातुतः धातुप्रत्ययानां योजनेन नूतनधातोः निर्माणं भवति. तेषां नाम अस्ति आतिदेशिकाः. आतिदेशिकधातूनां धातुसंज्ञा सनाद्यन्ता धातवः इति सूत्रेण दीयते. संज्ञा इत्युक्ते नामकरणं. सनाद्यन्ता धातवः इति उक्तवती. सनादिधातुप्रत्ययाः सन्ति. नीलं भगिनी कृपया वदतु, सनादिधातुप्रत्ययाः कति सन्ति?
द्वादश सनादिप्रत्ययः.
सनादिप्रत्ययस्य योजनेन किं भवति?
एकं नूतन धातु निर्मीयते यस्य संज्ञा अतिदेशधातुः इति भवति.
उत्तमम्. आतिदेशिकधातून् निर्मातुं शक्नुमः इत्युक्ते नूतनधातोः निर्माणं भवति धातुप्रत्ययानां योजनेन. एकं परिचितं सनादिप्रत्ययं वदतु.
नीच् अस्ति.
किञ्चित् वदतु तस्मिन् प्रसङ्गे.
नीच् प्रेरणार्थे अस्ति. हेतुमति च इति सूत्रेण नीच् प्रेरणार्थे भवति. तत्र यः नूतन धातु निर्मीयते सः तस्य अर्थः प्रेरणार्थे अस्ति. इत्युक्ते पठ् पाठी भवति. सो तत्र शिष्यः पठति, आचार्यः पाठयति इति भवति तत्र.
उत्तमं. सनादिप्रत्ययेषु परिचितप्रत्ययः अस्ति, णिच् प्रत्ययः अस्ति. सनादिप्रत्ययस्य योजनेन आतिदेशिकधातून् निर्मातुं शक्नुमः. अपि च सनाद्यन्ता धातवः इति सूत्रेण आतिदेशिकधातूनां धातुसंज्ञा दीयते. नूतनधातवः कथं सृज्यन्ते, नूतनधातवः कथं सृष्टाः भवन्ति इति प्रश्ने सति उत्तरमिदमेव. औपदेशिकधातुतः सनादिप्रत्ययानां योजनेन नूतनधातून् सृजामः अथवा नूतनधातवः सृष्टाः भवन्ति. सनादिप्रत्ययेषु केचन प्रत्ययाः धातुभ्यः विधीयन्ते, केचन प्रत्ययाः प्रातिपदिकेभ्यः अपि विधीयन्ते. तत्र विशेषः अस्ति, केचन नूतनधातवः प्रातिपदिकात् निर्मीयन्ते. उदाहरणार्थं क्विप् इति एकः प्रत्ययः अस्ति. क्विप् प्रत्ययः सनादिप्रत्ययेषु अन्यतमः एव, किन्तु धातुतः न विधीयते, प्रातिपदिकात् विधीयते. अपि च एकेन विशिष्टवार्तिकेन विधीयते. एतावत्पर्यन्तं किञ्चित् चर्चितं खलु. तेन आधारेण नीलं भगिनी भवती वदतु, धातवः कति प्रकारकाः सन्ति, धातवः कति धा विभज्यन्ते? द्विप्रकारकाः इति वक्तुं शक्यते खलु.
धातु
कति प्रकारकाः महोदय वदतु?
त्रिप्रकारकाः. प्रकारत्रयम् अस्ति. एकः तु औपदेशिकधातवः पाणिनिमहर्षिणा उपदिष्टाः धातवः. द्वितीयः तु अस्माभिः तद् दातुं स्वीकृत्य लौकिकधातवः अस्माभिः निर्मीयन्ते. प्रक्रिया अनुबन्धलोपे सति अस्माभिः निर्मीयन्ते सः ते धातवः लौकिकधातवः. तृतीयः धातवः अस्माभिः एव आतिदेश.
महोदयेन किमुक्तमस्ति, त्रिप्रकारकाः इति उक्तमस्ति, तत्तु असाधु. प्रकारद्वयमेव अस्ति. धातवः द्विप्रकारकाः एव, पाणिनिना उपदिष्टाः अपि च अस्माभिः निर्मिताः. इत्युक्ते औपदेशिकधातवः आतिदेशिकधातवः, तावदेव. किन्तु लौकिकधातवः इति भिन्नवर्गः नास्ति. किमर्थं लौकिकधातुः इति वदामः? औपदेशिकधातुं स्वीकृत्य इत्संज्ञकवर्णानां लोपकार्यानन्तरं लौकिकधातोः निर्माणं कुर्मः. किमर्थं चेत् वयं किमपि रूपं साधयितुम् इच्छामः. रूपसिद्ध्यर्थम् औपदेशिकधातुतः लौकिकधातोः निर्माणं कुर्मः. इत्संज्ञकवर्णानां लोपकार्यं कृत्वा, प्राकृतिकानि कार्याणि कृत्वा लौकिकधातोः निर्माणं कुर्मः, तावदेव. किन्तु अत्र विषयः तु धातवः द्विप्रकारकाः, औपदेशिकधातवः आतिदेशिकधातवः, तावदेव. धातुतः कीदृशप्रत्ययानां विधानं भवति इति पृच्छामि. नीलं भगिनी कृपया वदतु, के के प्रत्ययाः विधीयन्ते धातुतः?
धातुतः एकं तु तिङ्समूह, अष्टादश तिङ् प्रत्ययः धातुतः विहितः भवति. अपि च कृत् प्रत्ययः अपि धातुतः विहितः भवति अपि च केचन स्त्रीप्रत्ययः अपि धातुतः विहितः अस्ति अपि च विकरणप्रत्ययः अपि केवलं धातुतः एव विधीयते
उत्तमम् एकवारं चित्रं पश्यन्तु मम पुरतः तु चित्रमस्ति धातोः परं तिङ्प्रत्ययानां विधानं भवति कृत्प्रत्ययानां विधानं भवति किन्तु अत्र स्थलाभावात् अधोभागे दत्तमस्ति विकरणाः धातुप्रत्ययाः इति तदपि उपरि एव लेखनीयं धातोः परं तिङ्प्रत्ययानां विधानं भवति कृत्प्रत्ययानां विधानं भवति विकरणप्रत्ययानां विधानं भवति धातुप्रत्ययानां विधानं भवति धातुप्रत्ययानां योजनेन नूतनधातोः निर्माणं भवति प्रातिपदिकं प्रसङ्गे किञ्चित् चिन्तनं कुर्मः प्रातिपदिकात् कीदृशप्रत्ययानां विधानं भवति सुन्दरमहोदय चित्रं दृष्ट्वा वदतु प्रातिपदिकं प्रकृतिः अस्ति चेत् प्रातिपदिकात् के प्रत्ययाः विधीयन्ते
प्रथमं तु प्रातिपदिकात् तद्युतप्रत्ययाः विधीयन्ते
चित्रं पश्यतु
चित्रं प्रथमं चित्रं नास्ति मम पुरतः परन्तु द्वितीयं चित्रम् अस्ति
वीणा भगिनी भवती वदतु
प्रातिपदिकात् परे सुप्रत्ययाः स्त्रीप्रत्ययाः तद्धितप्रत्ययाः विधीयन्ते
प्रातिपदिकं स्वीकृत्य सुप्रत्ययस्य योजनेन किं सिद्ध्यति
नामपदं सुबन्तं सिद्ध्यते
उत्तमं सुबन्तं सिद्ध्यति इत्युक्ते सुप् अन्ते यस्य सः सुबन्तं प्रातिपदिकं स्वीकृत्य तस्य अनन्तरं सुप्रत्ययस्य योजनेन सुबन्तं पदं सिद्ध्यति तद्धितप्रत्ययस्य योजनेन उत्तमं प्रातिपदिकं स्वीकुर्मः तस्मात् तद्धितप्रत्ययस्य योजनेन तद्धितान्तपदानि सिद्ध्यन्ति तद्धितप्रकरणं बहु बृहत् अस्ति बहवः तद्धितप्रत्ययाः सन्ति अपि च प्रातिपदिकात् स्त्रीप्रत्ययानां योजनेन
स्त्रीत्वार्थं पृथक् प्रक्रिया नास्ति सुप्रत्ययान्ते एव आगच्छति तस्यापि स्त्रीप्रत्ययानाम् आगमनेन स्त्री रूपं सिद्ध्यति तत्र भिन्नः प्रसक्तिः नास्ति
पृथक् प्रक्रिया तस्मिन् प्रसङ्गे नास्ति सुबन्तप्रकरणे एव सा प्रक्रिया अपि अन्तर्भूता खलु
आम् आम्
सुबन्तप्रक्रियायाम् एव स्त्रीलिङ्गरूपाणां चिन्तनमपि कुर्मः तादृशरीत्या मातृभिः पाठ्यते आहत्य अत्र प्रातिपदिकात् सुप्रत्ययं योजयामः तेन सुबन्तानि प्रातिपदिकात् तद्धितप्रत्ययस्य योजनेन तद्धितान्तानि स्त्रीप्रत्ययस्य योजनेन स्त्रीलिङ्गपदानि सिद्ध्यन्ति धातुतः तिङ्प्रत्ययाः कृत्प्रत्ययाः विकरणप्रत्ययाः सनादिधातुप्रत्ययाः विधीयन्ते अत्र प्रातिपदिकम् इति लिखितम् अस्ति प्रातिपदिकं नाम किं वीणा भगिनी वदतु
प्रातिपदिकम् इत्युक्ते नामपदस्य मूलरूपं प्रातिपदिकम् इति वदन्ति
उत्तमं तत्र एकं संज्ञासूत्रमस्ति स्मारयतु
विस्मृतवती
सत्यभामा भगिनी भवती स्मरयति वा प्रातिपदिकं नाम किम् इति विवरणं दातुम् एकं संज्ञासूत्रम् अस्ति
प्रातिपदिकम् इति वा
उत्तमम् अर्धवत् अधातुरप्रत्ययः प्रातिपदिकम् इति संज्ञासूत्रमस्ति तेन सूत्रेण कीदृशशब्दस्य प्रातिपदिकसंज्ञा दीयते इति ज्ञायते इत्युक्ते तेन सूत्रेण कीदृशशब्दस्य प्रातिपदिकसंज्ञा भवति कीदृशशब्दः प्रातिपदिकं भवितुमर्हति इति ज्ञायते तेन सूत्रेण सूत्रार्थः कः शुभदा भगिनी कृपया वदतु
प्रयत्नं करोमि भगिनि अर्थवत् अधातु अप्रत्ययः इति उच्यते यः शब्दस्वरूपम् अर्थवत् अस्ति तस्मिन् अर्थः अस्ति अपि च तत् अधातुः अस्ति तत् शब्दस्वरूपं धातुः नास्ति कोऽपि प्रत्ययः अपि नास्ति प्रत्ययान्तशब्दः अपि नास्ति प्रत्ययग्रहणे प्रत्ययग्रहणेन प्रत्ययान्तशब्दानां ग्रहणं भवति, अतः प्रत्ययान्तशब्दाः अपि नास्ति. स च शब्दः, स च शब्दस्वरूपं, तच्च शब्दस्वरूपं प्रातिपदिकमिति उच्यते. परन्तु तत्र एकं अन्यत् सूत्रमपि अस्ति, कृत्तद्वितसमासाश्च.
प्रथमतया अर्धवत् अधात्रप्रत्ययः सूत्रं परिशील्य तस्मिन् प्रसङ्गे अपि चिन्तनं कुर्मः. बहु सम्यक् भगिनी, भगिन्या यदुक्तं तदेव पुनः स्मारयामि. यः शब्दः अर्धवान् भवतु, इत्युक्ते यः शब्दः अर्धं गृह्णाति, यः शब्दः अर्धवान् भवतु, अर्धवान् इति मतुप्रत्ययान्तशब्दः अस्ति. अपि च सः शब्दः धातुसंज्ञकः मास्तु, धातुसंज्ञकः नास्ति, प्रत्ययसंज्ञकः नास्ति, प्रत्ययान्तशब्दः अपि नास्ति. तादृशशब्दस्य प्रातिपदिकसंज्ञा दीयते अर्धवत् अधातुरप्रत्ययः प्रातिपदिकम् इति सूत्रेण. अस्मिन् सूत्रे चत्वारि पदानि सन्ति. अर्धवत् अधातु अप्रत्ययः प्रातिपदिकम् इदं प्रथमं सूत्रम्. अनेन सूत्रेण यस्य कस्यापि शब्दस्य प्रातिपदिकसंज्ञा दीयते, किन्तु सः शब्दः कीदृशः स्यात् भिन्नरीत्या तदेव वक्तुमिच्छामि. धातुभिन्नशब्दानां, प्रत्ययभिन्नशब्दानां, प्रत्ययान्तभिन्नशब्दानाम्, अर्धवतां शब्दानां, तत्र फोर् क्रैटीरिया सन्ति. धातुभिन्नशब्दानां, प्रत्ययभिन्नशब्दानां, प्रत्ययान्तभिन्नशब्दानाम्, अर्धवतां शब्दानां प्रातिपदिकसंज्ञा दीयते अर्धवत्तधातुरप्रत्ययः प्रातिपदिकं सूत्रेण इति अर्थः. अनेन सूत्रेण प्रातिपदिकसंज्ञा दीयते. इदं तु मुख्यं सूत्रम् अथवा प्रथमं सूत्रम्. प्रातिपदिकसंज्ञायाः प्रयोजनं किम् इति प्रश्ने सति मुख्यप्रयोजनमस्ति प्रत्ययविधानम्. शब्दस्य प्रातिपदिकसंज्ञा अस्ति चेदेव तस्य अनन्तरं प्रत्ययान् योजयितुं शक्नुमः, नो चेत् न. शब्दस्य प्रातिपदिकसंज्ञा अस्ति चेदेव सुप्रत्ययं योजयितुं शक्नुमः, तेन सुबन्तं साधयामः. तद्धितप्रत्ययम् अपि योजयितुं शक्नुमः. प्रातिपदिकसंज्ञा अस्ति चेदेव तस्य शब्दस्य प्रातिपदिकसंज्ञा स्यातादौ पश्चादेव प्रत्ययान् योजयितुं शक्नुमः. प्रातिपदिकात् प्रत्ययविधानमस्ति खलु, तदर्थं सूत्राणि सन्ति खलु. तानि सूत्राणि कुत्र सन्ति? शुभदा भगिनी वदतु. प्रातिपदिकेभ्यः प्रत्ययानां विधानं भवति. तत् कार्यम् अष्टाध्याय्यां कुत्र भवति, कस्मिन् अध्याये भवति?
न जानामि भगिनि.
विषयः तु मुख्यः. किमर्थं वदन्ती अस्मि? जानीमश्चेत् तत्र सूत्राणि वयं स्वयं द्रष्टुं शक्नुमः. ओ, इदं कार्यं तृतीयाध्याये, चतुर्थाध्याये भवति वा, ओ इदं कार्यं पञ्चमाध्याये भवति वा, अस्तु. एतादृशं ज्ञानमस्ति चेत् सुलभं. प्रातिपदिकात् प्रत्ययविधानं चतुर्थाध्याये भवति, पञ्चमाध्याये भवति. चतुर्थाध्याये सुबन्तपदनिर्माणं भवति, पञ्चमाध्याये तद्धितान्तपदनिर्माणं भवति. भगिनी एकम् अन्यत् सूत्रमपि उक्तवती, कृत्तद्धितसमासाश्च इति सूत्रमस्ति. सूत्रद्वयेन प्रातिपदिकसंज्ञा दीयते. प्रथमं सूत्रम् अथवा मुख्यं सूत्रमस्ति अर्धवत् अधातुरप्रत्ययः प्रातिपदिकम् इति सूत्रम्. मूले तु कानिचन प्रातिपदिकानि सन्ति, तेषां प्रातिपदिकसंज्ञा अनेन दीयते. मूलस्थित्यां कानिचन प्रातिपदिकानि सन्ति, अस्माभिः निर्मितानि प्रातिपदिकानि कानिचन सन्ति खलु, तेषां प्रातिपदिकसंज्ञा केन सूत्रेण भवति? भिन्नरीत्या वदामि, प्रातिपदिकं द्विविधम् अस्ति, इत्युक्ते सूत्रद्वयेन प्रातिपदिकं लभ्यते अथवा प्रातिपदिकस्य द्वैविध्यम् अस्ति. मूले तु कानिचन प्रातिपदिकानि सन्ति, तेषां प्रातिपदिकसंज्ञा प्रथमसूत्रेण अर्धवत् अधातुरप्रत्ययः प्रातिपदिकं सूत्रेण दीयते. किन्तु अस्माभिः निर्मितानि कानिचन प्रातिपदिकानि सन्ति खलु, उदाहरणार्थं रामः अस्ति चेत् रमुधातुः अस्ति, तस्मात् घञ् प्रत्ययं योजयामः, तेन राम इति प्रातिपदिकं सिद्ध्यति. राम इति प्रातिपदिकम् इति कथं वक्तुं शक्यते? तस्य प्रातिपदिकसंज्ञा केन सूत्रेण दीयते? शुभदा भगिनी वदतु.
भगिनी पुनः एकवारं प्रश्नः पृच्छति वा?
रमुधातुतः घञ् प्रत्ययस्य योजनेन राम इति प्रातिपदिकं सिद्ध्यति. तत् प्रातिपदिकम् अस्माभिः निर्मितं प्रातिपदिकम् इत्युक्ते धातोः परं प्रत्ययः अस्ति. प्रत्ययः अस्ति इति कारणतः प्रथमसूत्रेण, इत्युक्ते अर्धवत् अधातुरप्रत्ययः सूत्रेण तस्य प्रातिपदिकसंज्ञा न भवति खलु?
आमां.
वदतु, केन सूत्रेण प्रातिपदिकसंज्ञा भवति?
तर्हि रम् इति धातोः घञ् इति प्रत्ययः अस्ति चेत् तत्र घञ् इति कृत् प्रत्ययः भवति. अतः कानिचन सूत्राणि सन्ति, अचोयणीति इति सूत्रं, तेन उपधायाः दीर्घः भूत्वा राम इति शब्दः निष्पद्यते. एषः शब्दः अस्माभिः निर्मितम्, अतः मूलशब्दः नास्ति इति कृत्वा कृदन्तशब्दः भवति. कृत्तद्धितसमासाश्च इति सूत्रेण राम इति इत्यस्य प्रातिपदिकसंज्ञा भवति, यतोहि कृत् प्रत्ययः तत्र विहितः अस्ति. कृदन्तः भवति रामः इति, अतः कृत्तद्धितसमासाश्च इति सूत्रम् अत्र अत्र भवति वर्तते.
उत्तमं. सः शब्दः कृदन्तशब्दः, अतः कृत्तद्धितसमासाश्च सूत्रेण तस्य प्रातिपदिकसंज्ञा भवति. आहत्य प्रातिपदिकानि द्विधा वर्तन्ते, इत्युक्ते मूलतः प्रातिपदिकानि सन्ति, अस्माभिः निर्मितानि प्रातिपदिकानि अपि सन्ति. अनेन सूत्रद्वयेन प्रातिपदिकसंज्ञा दीयते. द्वितीयं सूत्रं किमुक्तवती भगिनी? कृत्तद्धितसमासाश्च इति सूत्रेण अपि प्रातिपदिकसंज्ञा दीयते. तत्सूत्रम् इतोपि किं वदति भगिनी? भवती एव वदतु. कृत्तद्धितसमासाश्च सूत्रेण किमुच्यते?
तत्र कृदन्ताः, तद्धितान्ताः अपि च समासाः, एतेषां शब्दानां प्रातिपदिकम् इति संज्ञा भवति. इत्युक्ते ये कृदन्ताः सन्ति, यदा यथा वयं दृष्टवन्तः राम इति कृदन्तः अस्ति, तस्य प्रातिपदिकसंज्ञा भवति. तत्र सुप्रत्ययानां योजनेन सुभुत्पत्तिः भवति. तावत् तादृशमेव तद्धितशब्दाः अपि सन्ति, यत्र तद्धितप्रत्ययानां योजनेन तद्धितान्तप्रत्ययाः ये सन्ति, तद्धितान्तशब्दाः ये सन्ति, तेषामपि प्रातिपदिकम् इति संज्ञा भवेत्. तादृशमेव समासाः अपि भवन्ति, यत्र द्वयोः शब्दयोः योजनेन एकः शब्दः सिद्ध्यति, सः शब्दः प्रातिपदिकम् इति प्रयुज्यते. तत्र अपि सुबुत्पत्ति भवेत् सुप्रत्ययानां योजनेन इति.
साधु भगिनी. कृत्तद्धितसमासाश्च सूत्रेणापि प्रातिपदिकसंज्ञा दीयते. धातुतः कृत् प्रत्ययस्य योजनेन कृदन्तप्रातिपदिकं सिद्ध्यति. तत्र आदौ कृदन्तप्रातिपदिकं सिद्ध्यति, पश्चात् वयं सुप्रत्ययं योजयामः, अतः सुबन्तं भवति. इत्युक्ते आदौ कृदन्तप्रातिपदिकं सिद्ध्यति, कृदन्तप्रातिपदिकात् सुप् प्रत्ययस्य योजनेन सुबन्तपदनिर्माणं भवति. कृदन्तानां प्रसङ्गे अपि कृत्तद्धितसमासाश्च सूत्रेण कृदन्तप्रातिपदिकस्य प्रातिपदिकसंज्ञा दीयते. एवमेव सामासिकपदानि, इत्युक्ते समस्तपदानि सन्ति, द्वयोः सुबन्तयोः मेलनेन समस्तपदनिर्माणं भवति. समस्तपदनिर्माणावसरे नूतनप्रातिपदिकं निर्मामः, इत्युक्ते द्वयोः सुबन्तयोः प्रातिपदिकं स्वीकुर्मः. आदौ मेलनं कृत्वा नूतनप्रातिपदिकम्, इत्युक्ते समस्तपदस्य प्रातिपदिकनिर्माणं भवति. आदौ देवालयः इति पदमस्ति चेत् देवालय इति प्रातिपदिकं सिद्ध्यति, पश्चात् सुबुत्पत्तिः भवति, तेन सुबन्तपदं समस्तपदं निर्मीयते. तादृशानां शब्दानाम्, इत्युक्ते समस्तपदस्य प्रातिपदिकसंज्ञा अपि कृत्तद्धितसमासाश्च सूत्रेण भवति. एवमेव तद्धितप्रत्ययस्य योजनेन तद्धितान्तप्रातिपदिकं निर्मीयते आदौ, पश्चात् सुप्रत्ययस्य योजनेन तत् सुबन्तं भवति. इदं सूत्रं द्वितीयं सूत्रमस्ति, अनेनापि प्रातिपदिकसंज्ञा दीयते. एतावत्पर्यन्तं प्रातिपदिकात् सुप्रत्ययानां योजनं भवति इति पठितवन्तः. सुप्रत्ययाः कति सन्ति? नीलं भगिनी, भवती वदतु, सुप् प्रत्ययाः कति सन्ति? एकविंशतिः सन्ति. वक्तुमिच्छति वा?
औजस्, औट्षस्, ताभ्यां भिस्, नेभ्यां भ्यस्, नसिभ्यां भ्यस्,
चिन्ता मास्तु. सु औजस् अम् औट्षस् ताभ्याम्भिस् नेभ्याम्भ्यस् नसिभ्याम्भ्यस् नस् ओस् आम् नि ओस् सुप् एते एकविंशति सुप् प्रत्ययाः सन्ति. सुप् प्रत्ययानां विधानं प्रातिपदिकात् भवति. प्रातिपदिकात् सुप् प्रत्ययानां विधानम् अष्टाध्याय्यां चतुर्थाध्याये भवति. अपि च अत्र स्त्रीप्रत्ययाः इति उक्तं खलु. कति स्त्रीप्रत्ययाः सन्ति? कोऽपि जानाति चेत् वदतु. कति स्त्रीप्रत्ययाः सन्ति?
नव स्त्रीप्रत्ययः.
दश इति मया पठितम्. नीबन्ताः आबन्ताः नाम्ना केचन स्त्रीप्रत्ययाः सन्ति. आबन्ताः इति कथनेन टाप् डाप् चाप् एते स्त्रीप्रत्ययाः सन्ति. तेषां नाम आबन्ताः. आबन्ताः इत्युक्ते इत्संज्ञकवर्णानां लोपकार्यानन्तरं तत्र आ एव अवशिष्यते. टाप् डाप् चाप् इति कथनेन आ इति अवशिष्यते. अतः तेषां नाम अस्ति आबन्ताः. णीप् णीषु णीन् एते त्रयः प्रत्ययाः सन्ति. तेषां नाम अस्ति ञीबन्ताः. एकं सूत्रमस्ति ञाप् प्रातिपदिकात् इति अधिकारसूत्रमस्ति. तस्मिन् अधिकारे त्रिप्रत्ययानां विधानं भवति. चतुर्थाध्याये अस्ति इदं सूत्रं. ञीबन्ताः आबन्ताः एते सर्वे स्त्रीप्रत्ययाः सन्ति. एतावत्पर्यन्तं षट् प्रत्ययान् उक्तवती. इतोपि चत्वारः स्त्रीप्रत्ययाः सन्ति इति मम अवगमनमस्ति. अपि च तद्धितप्रत्ययाः सन्ति. कति तद्धितप्रत्ययाः सन्ति? कोऽपि वदतु.
एक अशीति अधिक द्विशतं 281 प्रातिपदिक सोरि तद्धितप्रत्ययाः सन्ति टोटल्.
बहवः तद्धितप्रत्ययाः सन्ति. तद्धितप्रकरणं बृहदस्ति. अपि च अत्र पश्यन्तु, प्रातिपदिकात् सुप्रत्ययस्य योजनेन सुबन्तानि, तद्धितप्रत्ययस्य योजनेन तद्धितान्तानि, अपि च स्त्रीप्रत्ययानां योजनेन स्त्रीलिङ्गपदानि सिद्ध्यन्ति. अस्माकं करपत्रे किं लिखितमस्ति? सुबन्तप्रक्रिया अस्ति, तद्धितप्रक्रिया अस्ति, किन्तु स्त्रीप्रक्रिया इति पृथक्तया न पाठ्यते. स्त्रीलिङ्गरूपाणां सिद्धिः इति सुबन्तप्रकरणे एव अन्तर्भूतमस्ति. स्त्रीलिङ्गपदानां रूपसाधनार्थं पृथक् प्रक्रिया नास्ति. विशेषविशिष्टा प्रक्रिया अस्ति चेदपि सा पृथक् इति न मन्तव्या. सुबन्तप्रक्रियायाम् एव सा प्रक्रिया अन्तर्भूता. प्रातिपदिकात् प्रत्ययानां योजनम् इति विषयः प्रकृतिविषयः नास्ति. अस्माकं चिन्तनम्, अस्माकम् अवधानं कुत्र भवेत् इत्युक्ते धातुतः विधीयमानप्रत्ययानां प्रसङ्गे एव अस्माभिः अवधानं दातव्यम् इत्युक्ते अद्यतनविषयः अथवा प्रकृतिविषयः. धातुतः विधीयमानप्रत्ययानां चिन्तनमेव प्रकृतिविषयः, सः विषयः एव द्रष्टव्यः. प्रातिपदिकात् विधीयमानप्रत्ययानां विषयः तु इदानीं मास्तु, अग्रे गत्वा वयं पठितुं शक्नुमः. इदानीं तु अस्माकम् अवधानं धातुतः विधीयमानप्रत्ययानां चिन्तने एव भवतु. धातुतः कीदृशप्रत्ययानां विधानं भवति? धातुतः विधीयमानाः प्रत्ययाः कतिधा भवन्ति? कीदृशप्रत्ययानां विधानं भवति धातुतः?
द्विधा भवति भगिनि, तिङ् प्रत्ययाः, कृत् प्रत्ययाः.
द्विधा किमर्थम् उक्तवती? धातुप्रत्ययाः सन्ति, विकरणप्रत्ययाः सन्ति खलु.
प्रधानतया तिङ् प्रत्ययाः, कृत् प्रत्ययाः.
सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः इति मन्ये.
न न न,
तिङ् प्रत्यय मध्ये आगच्छति तत् सार्वधातुक आर्धधातुक.
साधु भगिनि. भगिनी किम् उक्तवती? तिङ् प्रत्ययाः, कृत् प्रत्ययः इति उक्तवती. किन्तु एकवारं चित्रं पश्यन्तु, तत्र स्थलाभावात् तथा लिखितमस्ति. धातोः परमेव विकरणप्रत्ययानां विधानं भवति, सनादिधातुप्रत्ययानां विधानमपि भवति इति स्मर्तव्यः. किन्तु मुख्यतया वयं तिङ् प्रत्ययानां प्रसङ्गे, कृत् प्रत्ययानां प्रसङ्गे चिन्तनं कुर्मः. तिङ् प्रत्ययाः, कृत् प्रत्ययाः, सनादिधातुप्रत्ययाः, विकरणप्रत्ययाः. सनादिधातुप्रत्ययानां योजनेन नूतनधातोः निर्माणं भवति इति पठितं खलु. आतिदेशिकधातूनाम् आवलिः कुत्र लभ्यते? कोऽपि वदतु. आतिदेशिकधातूनाम् आवलिः
चुरादिगणे, दशमगणे, सनादिप्रत्यययोजनेन
न कुत्रापि लभ्यते वा? कति आतिदेशिकधातवः सन्ति? भवती एकवारम् ऊहां करोतु. औपदेशिकधातवः 2000 सन्ति. तेभ्यः सनादिधातुप्रत्ययान् 12 योजयामः. तेन कति धातून् निर्मातुं शक्नुमः? तादृशी आवलिः कुत्रापि लभ्यते वा?
बहूनि भवितुम् अर्हति
महोदय, वदतु.
इन्फिनिटि.
अनन्ताः शब्दाः कथं लभ्यन्ते? नैतत्पुरुषमासः. अनन्ताः शब्दाः अनेन एव लभ्यन्ते. कथम् इत्युक्ते 2000 औपदेशिकधातवः सन्ति. तेभ्यः परं 12 सनादिप्रत्ययान् योजयामः. पश्चात् तस्मात् परं तिङ्प्रत्ययान् योजयामः. कृत् प्रत्ययान् योजयामः. 10 सन्ति. तदर्थम् अनन्ताः शब्दाः निर्मीयन्ते. अत्र धातुतः तिङ्प्रत्ययानां योजनं भवति. धातुतः विधीयमानाः प्रत्ययाः तिङ्प्रत्ययाः, कृत् प्रत्ययाः. इत्युक्ते विकरणप्रत्ययान् अपि च सनादिप्रत्ययान् अधुना त्यजामः. केवलं तिङ्प्रत्ययानां प्रसङ्गे, कृत् प्रत्ययानां प्रसङ्गे चिन्तनं कुर्मः. कृत् प्रत्ययः नाम किं? वीणा भगिनी वदतु.
कृत् प्रत्ययाः धातोः परे यदा कृत् प्रत्ययः कृत् प्रत्ययस्य योजनेन कृदन्ताः भवन्ति. तत्र सार्वधातुकप्रत्ययाः, अर्धधातुकप्रत्ययाः इति प्रकारद्वौ अस्तः कृत् प्रत्यये, सार्वधातुक अर्धधातुक.
शुभदा भगिनी, भवती वदतु, कस्य नाम कृत् इति वदामः? इत्युक्ते कीदृशप्रत्ययस्य नाम कृत् इति वक्तुं शक्यते?
तत्र एकं सूत्रमस्ति, कृदतिङ् इति. एतेन सूत्रेण, अनेन सूत्रेण ये प्रत्ययाः तिङ् नास्ति, ये प्रत्ययाः तिङ् न सन्ति, ते सर्वे कृत् प्रत्ययाः इति उच्यते. कृदतिङ् कृत् अतिङ्, अतिङ् इत्युक्ते पुनः नयतत्पुरुषसमासः, न तिङ् इति अतिङ्. ये प्रत्ययाः तिङ् न, ते कृत् प्रत्ययाः इति उच्यते.
उत्तमम्, तथा वक्तव्यम्. कृदतिङ् इति एकं सूत्रमस्ति. कृत् अतिङ्, अतिङ् प्रत्ययाः एव कृत् प्रत्ययाः. ये तिङ्गः न सन्ति, ते कृत् प्रत्ययाः भवन्ति. ये प्रत्ययाः तिङ् भिन्नाः, ये प्रत्ययाः तिङ् भिन्नाः अपि च कृत् अधिकारे विहिताः भवन्ति, ते एव कृत् प्रत्ययाः. तिङ् भिन्नाः इति कथनेन अतिङ् इति वक्तुं शक्यते. अतिङ् प्रत्ययाः एव कृत् प्रत्ययाः. अत्र इतोपि एकः विषयः अस्ति. ये तिङ्गः न सन्ति, ते कृत् प्रत्ययाः भवन्ति इति एकः विषयः. एते कृत् प्रत्ययाः कृत् अधिकारे विधीयन्ते इति विषयः. कृद् अधिकारः, अयम् अधिकारः कुत्र अस्ति? अष्टाध्यायी पुस्तकं पश्यामश्चेत्, यदि अष्टाध्यायी सूत्रपाठः इति पुस्तकं भवतां पुरतः अस्ति, तर्हि पुस्तकं पश्यन्तु. तत्र सूत्रमस्ति, कृदतिङ् इति एकं सूत्रमस्ति. 56 पेज् मध्ये अस्ति. कृदतिङ् इति एकं सूत्रमस्ति. कृदतिङ् इति सूत्रात् आरभ्य कृत् प्रत्ययानां योजनं भवति. कृदतिङ् सूत्रात् आरभ्य अग्रे यानि यानि सूत्राणि दत्तानि, तानि सर्वाणि कृद् अधिकारे सन्ति, अपि च कृत् प्रत्ययानां विधानं भवति तैः सूत्रैः इति विषयः. ये प्रत्ययाः तिङ्गः न सन्ति, ते कृत् प्रत्ययाः भवन्ति. तिङ् प्रत्ययाः इति वदामः खलु. महोदय, भवान् वदतु, सुन्दर महोदय, कति तिङ् प्रत्ययाः सन्ति? वदतु, एकवारं स्मारयतु. 18 तिङ् प्रत्ययाः.
तिङ् प्रत्ययाः सु, औ, जस्,
न तिङ् प्रत्ययाः.
प्रत्ययः ति, तीतः, अन्ति, सीथः, तिप् तस्जि,
चिन्ता मास्तु महोदय. वीणा भगिनी, भवती वक्तुमिच्छति वा?
हा, 18 सन्ति. तिप् तस्जि, सिप् तस्थ, मिप् वस्मस्, परस्मैपदे प्रत्ययाः. आत्मनेपदि त, आतां, झ, थाम्, आतां, ध्वम्, इड्वहि, महिङ्, इड्वहि, महिङ्.
उत्तमम्. तिप् तस् झि, सिप् थस् था, मिप् वस् मस्, त, आतां, झ, थास्, आथां, ध्वम्, इड्वहि, महिङ्, इति अष्टादश तिङ् प्रत्ययाः सन्ति. तिप्तस्थिप्तस्थमिप्स्मस् एते प्रत्ययाः परस्मैपदसंज्ञकप्रत्ययाः. त आतां झा था सा थां ध्वम् इड् वहि महिन् एते प्रत्ययाः आत्मनेपदसंज्ञकप्रत्ययाः. एतेषाम् अष्टादशप्रत्ययानां विधानं कुत्र भवति? धातुभ्यः एते तिङ्प्रत्ययाः विधीयन्ते. एतेषां विधानं कस्मिन् अध्याये भवति? वीणा भगिनी वदतु.
अहं न जानामि भगिनि.
तृतीयाध्याये भवति.
तृतीयाध्याये प्रत्ययः भवति तत्र एव वा? तृतीय चतुर्थ प्रत्ययः आम् आं खलु. तृतीय पञ्चम चतुर्थ तृतीय चतुर्थ पञ्चम अध्याये प्रत्ययाः भवन्ति तत्र एव.
तृतीयाध्याये त्रीणि परिचितानि मुख्यानि अधिकारसूत्राणि सन्ति. तानि कानि? त्रीणि परिचितानि मुख्यानि स्मर्तव्यानि त्रीणि अधिकारसूत्राणि सन्ति. उत्तम. अत्र त्रीणि मुख्य अधिकारसूत्राणि सन्ति, धातोः परश्च प्रत्ययः. एतेषां त्रयाणाम् अधिकारः तृतीयाध्याये अस्ति. धातोः इति कथनेन अर्धः कः? अधिकारसूत्रस्य अर्धः कः वदतु. तृतीयाध्याये अस्य अधिकारः अस्ति धातोः इति कथनेन.
तानि धातोः भवति.
लक्ष्मी भगिनी भवती वदतु. त्रीणि अधिकारसूत्राणि सन्ति, धातोः परश्च प्रत्ययः. एतेषां त्रयाणाम् अधिकारः तृतीयाध्याये अस्ति. किञ्चित् वदतु.
धातोः इति अधिकारः अस्ति. तस्मिन् अधिकारे वर्तमानानां सर्वे धातोः भवन्ति. सर्वाणि सूत्राणि यानि सूत्राणि विधीयन्ते तानि सर्वाणि धातोः भवन्ति. सः कुत्र भवन्ति इत्युक्ते सः कः भवति? प्रत्ययः इति अस्ति. प्रत्ययः भवन्ति धातोः भवन्ति. प्रत्ययः भवति. प्रत्ययः कुत्र भवति? परश्च. धातोः परः भवति इति परश्च इति अधिकारी अस्ति इति अधिकारी अस्ति. अतः धातोः परः भवति.
तदेव. तत्र त्रीणि अधिकारसूत्राणि सन्ति, धातोः परश्च प्रत्ययः. तृतीयाध्याये अपि प्रत्ययाधिकारः अस्ति. प्रत्ययानां विधानं भवति तृतीयाध्याये. केभ्यः प्रत्ययानां विधानं भवति, कस्मात् प्रत्ययानां विधानं भवति तृतीयाध्याये इत्युक्ते धातोः परं प्रत्ययानां विधानं तृतीयाध्याये भवति. तृतीयाध्याये धातुः एव प्रकृतिः. धातोः परं प्रत्ययः विधीयन्ते. परश्च सूत्राणि किमुच्यते? प्रकृतेः परमेव प्रत्ययः विहितः भवति. अतः तृतीयाध्याये धातोः परश्च प्रत्ययः इति त्रयाणाम् अधिकारसूत्राणाम् अधिकारः अस्ति. एते तिङ् प्रत्ययाः तृतीयाध्याये विधीयन्ते. कृत् प्रत्ययानां प्रसङ्गे अग्रे किञ्चित् चिन्तनं कुर्मः. किन्तु विकरणप्रत्ययाः सनादिधातुप्रत्ययाः इति लिखितमस्ति खलु, एते प्रत्ययाः अपि धातुभ्यः एव विधीयन्ते. विकरणप्रत्ययाः सनादिधातुप्रत्ययाः द्वयोः प्रसङ्गे वदन्ती अस्मि. एते प्रत्ययाः अपि धातुभ्यः एव विधीयन्ते. धातुभ्यः एव विधीयन्ते इति कारणतः विकरणप्रत्ययाः सनादिधातुप्रत्ययाः तिङ् अथवा कृत् वा भवन्ति वा, तेषां तिङ् संज्ञा वा अथवा कृत् संज्ञा वा भवति वा इति प्रश्नः. विकरणप्रत्ययाः अपि धातुतः एव विधीयन्ते. सनादिधातुप्रत्ययाः अपि धातुतः एव विधीयन्ते इति कृत्वा तेषां तिङ् संज्ञा अथवा कृत् संज्ञा भवति वा, विकरणप्रत्ययानां तिङ् संज्ञा अथवा कृत् संज्ञा भवति वा. अथवा भिन्नरीत्या पृच्छामि, विकरणप्रत्ययाः तिङ् प्रत्ययाः भवन्ति वा कृत् प्रत्ययाः भवन्ति वा? उदाहरणार्थं शप् इति गणविकरणप्रत्ययः अस्ति. शप् इति गणविकरणप्रत्ययः कीदृशः? सः तिङ् भवितुमर्हति वा कृत् भवितुमर्हति वा?
न भवति चिन्तयामि.
वदतु.
तद् केवलं षित् प्रत्ययः, षित् एव, न तु कृत् अथवा तिङ् प्रत्ययः. तिङ् प्रत्ययः एकविंशति एव, कृत् प्रत्ययः भिन्नप्रत्ययः एव. विकरणप्रत्ययः कृत् प्रत्ययः नास्ति.
शप् इत्यादयः सन्ति खलु, शप् इत्यादयः गणविकरणाः सन्ति. भगिनी बहु सम्यक् उक्तवती. शप् इति गणविकरणप्रत्ययः, शप् शन् इत्यादयः सर्वे गणविकरणप्रत्ययाः. ते तिङ्गः न सन्ति. किमर्थं तिङ्गः न सन्ति भगिनी वदतु?
तिङ् प्रत्ययः कुत्र आगच्छति इति चेत् यत्र सार्वधातुकप्रक्रियाम् एव गणविकरणप्रत्ययः आगच्छति तद् कुत्र आगच्छति इति चेत् धातुतः यदा तिङ्प्रत्ययः विद्यते तस्मात् एव तद् धातु तिङ्प्रत्ययोः मध्ये आगच्छति. तद् गणम् अनुसृत्य विकरणप्रत्ययः मध्ये आगच्छति. तिङ्प्रत्ययः तत्र तादृशं नास्ति. तत् लकारनिमित्तिकप्रत्ययः अस्ति.
तत्र भ्रमः मास्तु. अहं कस्मिन् प्रसङ्गे वदन्ती अस्मि? विकरणप्रत्ययानां प्रसङ्गे वदन्ती अस्मि. विकरणप्रत्ययानाम् अपि द्वैविध्यम् अस्ति, गणविकरणप्रत्ययाः, लकारनिमित्तिकविकरणप्रत्ययाः इति द्विविधप्रकारकविकरणप्रत्ययाः सन्ति. विकरणप्रत्ययानां प्रसङ्गे अहं पृच्छन्ती अस्मि. विकरणप्रत्ययाः कीदृशाः? ते तिङ्गः न सन्ति. किमर्थं चेत् केवलम् अष्टादश एव तिङ्प्रत्ययाः सन्ति. तेषु शप् इत्यादयः अन्तर्भूताः न सन्ति. इत्युक्ते शप् तिङ्प्रत्ययेषु अन्यतमः नास्ति, अतः तिङ् नास्ति. तिङ् नास्ति इत्यतः कृत् भवितुमर्हति वा इति प्रश्नः उदेति. विकरणप्रत्ययाः कृत् प्रत्ययाः भवितुमर्हन्ति वा इति प्रश्नः उदेति. इत्युक्ते गणविकरणप्रत्ययाः अथवा लकारनिमित्तिकविकरणप्रत्ययाः, एते सर्वे प्रत्ययाः कस्मिन् केटगरि मध्ये स्थापनीयाः? एते धातुभ्यः विधीयमानाः प्रत्ययाः एव, किन्तु तिङ्गः न सन्ति. अतः कृत् प्रत्ययानां केटगरि मध्ये स्थापयितुं शक्यते वा इति प्रश्नः उदेति. न इति एव उत्तरमस्ति तत्र. तदर्थमेव अस्मिन् चित्रे गणविकरणप्रत्ययाः पृथक् केटगरि मध्ये स्थापिताः. तत्र चिन्तनं किम्? विकरणप्रत्ययाः तिङ्गः न सन्ति. अष्टादश तिङ्प्रत्ययेषु अन्यतमाः न सन्ति इति कारणतः एते तिङ्गः न सन्ति. अपि च कृत् प्रत्ययाः अपि भवितुं न अर्हन्ति. किमर्थं चेत् कृदतिङ् इति सूत्रं पश्यामश्चेत् कृदतिङ् इति अधिकारसूत्रमस्ति. तस्मात् सूत्रात् पूर्वमेव गणविकरणप्रत्ययानां विधानं भवति. इत्युक्ते गणविकरणप्रत्ययं योजयितुं यानि यानि सूत्राणि अपेक्षितानि तानि सूत्राणि सर्वाणि कृदतिङ् सूत्रात् पूर्वमेव सन्ति. विकरणप्रत्ययानां विधानं कृत् अधिकारे न भवति. इत्युक्ते कृदतिङ्क् अधिकारसूत्रस्य परिधौ विकरणप्रत्ययानां विधानं न भवति. यद्यपि एते प्रत्ययाः धातुभ्यः विधीयमानाः, तथापि विकरणप्रत्ययाः तिङ्गः न सन्ति, कृत् प्रत्ययाः अपि भवितुं न अर्हन्ति. एतेषां विधानं कृदतिङ्क् इति अधिकारसूत्रात् पूर्वम्, इत्युक्ते गणविकरणप्रत्ययानां विधानार्थं यानि यानि सूत्राणि अपेक्षितानि तत्सम्बद्धानि सर्वाणि सूत्राणि, इत्युक्ते गणविकरणप्रत्ययविधानार्थम् आवश्यकानि सर्वाणि सूत्राणि कृदतिङ् इति सूत्रात् पूर्वं सन्ति. इत्युक्ते कृद् अधिकारे एतेषां विधानं न भवति, तस्मात् पूर्वं भवति. अतः गणविकरणप्रत्ययाः कृत् प्रत्ययाः अपि भवितुं न अर्हन्ति.
भगिनि, एकः प्रश्नः अत्र सदासिडोः इति सूत्रमस्ति खलु, तदपि तस्यापि विधानं पूर्वम् एव भवति वा?
आम्,
तदेव. अतः तदपि एतादृश कन्फ्यूषन् आवश्यकता नास्ति.
आवश्यकता नास्ति. विकरणप्रत्ययानां द्वैविध्यम् अस्ति. गणविकरणप्रत्ययाः सार्वधातुकप्रक्रियायाम् आयान्ति, लकारनिमित्तिकविकरणप्रत्ययाः आर्धधातुकप्रक्रियायाम् आयान्ति. विंशतिः विकरणप्रत्ययाः सन्ति. विकरणप्रत्ययाः धातुभ्यः विधीयमानाः एव, किन्तु विकरणप्रत्ययाः तिङ्गः न सन्ति, कृत् प्रत्ययाः अपि भवितुं न अर्हन्ति. कृदतिङ् सूत्रात् पूर्वमेव गणविकरणप्रत्ययानां विधानार्थं सूत्राणि सन्ति. कृदतिङ् सूत्रात् पूर्वमेव लकारनिमित्तिकविकरणप्रत्ययानां विधानमपि भवति. स्यतासील् रूल् उटोः सूत्रेण स्या इति लकारनिमित्तिकविकरणप्रत्ययः लृट् लकारे, लृङ् लकारे, लुट् लकारे, तास् प्रत्ययः आयाति इति कारणतः ते प्रत्ययाः लकारनिमित्तिकविकरणाः अपि च गणविकरणप्रत्ययाः अपि तिङ्गः न भवितुमर्हन्ति, कृत् प्रत्ययाः अपि भवितुं न अर्हन्ति. एतादृशं चिन्तनमेव सनादिप्रत्ययानां प्रसङ्गे अपि करणीयं. तदर्थमेव अस्मिन् करपत्रे पृथक्तया गणविकरणप्रत्ययाः अपि च सनादिप्रत्ययाः पृथक्तया किञ्चित् अधोभागे लिखितमस्ति. इत्युक्ते सनादिप्रत्ययानां प्रसङ्गे अपि यद्यपि एते प्रत्ययाः धातुभ्यः विधीयमानाः तथापि कृदतिङ् सूत्रात् पूर्वमेव सनादिधातुप्रत्ययानां विधानं भवति इति कारणतः एते प्रत्ययाः सनादिधातुप्रत्ययाः तिङ्गः भवितुं न अर्हन्ति, कृत् प्रत्ययाः अपि भवितुं न अर्हन्ति. अतः एते प्रत्ययाः पृथक्तया स्थापिताः अस्मिन् करपत्रे. सनादिप्रत्ययानां योजनेन नूतनधातोः निर्माणं भवति. तस्मात् परं विवक्षानुगुणं कृत् प्रत्ययान् योजयितुं शक्नुमः, तिङ् प्रत्ययानपि योजयितुं शक्नुमः.
एकम् अन्यत् चिन्तनम् अस्ति,
वदतु.
तत्र तृतीयाध्याये प्रथमपादे तत्र पाणिनि महर्षिपाणिनिना द्विवारं धातोः इति सूत्रं पाठिताः सन्ति. एकमस्ति द्वादशसूत्रं धातोः एकाचो हलादे क्रियासंव्यहारे यङ्,
धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इति अन्यत् अधिकारसूत्रमस्ति. धातोः इति एकम् अधिकारसूत्रमस्ति तृतीयाध्याये. द्वितीयम् अधिकारसूत्रमपि अस्ति, धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इत्युक्ते धातोः इत्यस्य अधिकारः द्विवारम् अस्ति. भगिनी वदतु.
एकं तु एतत् द्वादशसूत्रद्वारा अस्ति, द्वितीयम् अस्ति एकनवतिति यः सूत्रमस्ति धातोः, तत्रापि धातोः इति अधिकारः आरभ्यते. सो तत्र चिन्तनमस्ति ये तत्र सर्वे विकरणप्रत्ययः अपि च सन्नाद्यन्तः धातवः तत् सूत्रमपि प्रथमधातु अधिकारे एव आयाति, परन्तु यः क्रीडतिङ् यः सूत्रमस्ति सः द्वितीय यः धातु अधिकारः अस्ति तस्मिन् अधिकार तस्य सूत्रस्य अधिकारे आयाति. यद्यपि द्वौ अपि धातोः एव अस्ति परन्तु तत्र एतत् एव भिन्नता किम् अस्ति, यथा भवती उक्तवती सन् अपि च विकरणप्रत्ययः ते कृत् न तिङ् न. सो तत्र एतत् चिन्तनमस्ति ते सर्वे सन् सनादिप्रत्ययः अपि च विकरणप्रत्ययः प्रथमधातु अधिकारे आयाति. कृदतिङ् इति सूत्र आरभ्य तत्र सर्वे कृत् प्रत्ययाः पाठिताः सन्ति, अतः ते द्वितीयधातोः अधिकारे आयाति. सो तत्र एतत् चिन्तनमस्ति, अतः वयं वक्तुं शक्यते सन् प्रत्ययः अपि च विकरणप्रत्ययः कृत् न तिङ् न, परन्तु ते अपि अर्धधातुक् अपि च सार्वधातुक् भवितुम् अर्हति इति तत् चिन्तनमस्ति.
तदपि ज्ञातव्यम्.
अत्र मम एकः प्रश्नः अस्ति भगिनि, चित्रे इदानीं धातोः इत्यस्य अधोभागे तिङ् कृत् इति लिखितं, ततोपि अनन्तरं विकरणप्रत्ययः धातुप्रत्ययः अपि स्थापयितुं शक्यते.
तत्रैव स्थापनीयं, स्थलाभावात् तथा लिखितम् अस्ति इति मम चिन्तनमस्ति.
इतोपि एकः प्रश्नः, अपि च सार्वधातुकः अर्थधातुकः इति लिखितं, तदपि तस्य अधोभागे लिखितुं शक्यते खलु?
लेखितुं शक्यते. तच्चिन्तनं किञ्चित् कुर्मः. नीलं भगिनी भवती कृपया वदतु, सनादिप्रत्ययाः अपि धातुतः विधीयन्ते, धातुभ्यः विधीयमानाः प्रत्ययाः एव, किन्तु सनादिधातुप्रत्ययाः तिङ्गः न सन्ति, कृत् प्रत्ययाः न सन्ति, अतः एतान् धातुप्रत्ययान् पृथक्तया स्थापितवन्तः. अत्र उदाहरणार्थम् अस्माकं कृते परिचितः णिच् प्रत्ययः अस्ति. णिच् प्रत्ययः सनादिप्रत्ययेषु अन्यतमः. णिच् प्रत्ययः कीदृशः, वदतु.
णिच् प्रत्ययः तस्य स्वभावः पश्यामः चेत् तत्र चटु सूत्रे नकारस्य इत्संज्ञा भवति, अपि च चकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति. चित् न तिङ् न, तस्मै तु चित् न तिङ् न, अतः आर्धधातुकं शेषः इति सूत्रेण णिच् प्रत्ययः आर्धधातु. अनन्तरम् आर्धधातुक् णित् अस्ति, तस्मिन् नकारः इत्संज्ञकः, अतः आर्धधातुक् णित् प्रत्ययः णिच् इति वदामः.
बहु सम्यक् भगिनी. णिच् इति प्रत्ययः अस्ति खलु, णिच् प्रत्ययः तिङ्क्षित् नास्ति, तिङ् प्रत्ययेषु अन्यतमः नास्ति, षित् प्रत्ययः नास्ति, तिङ्क्षित् नास्ति, अतः आर्धधातुकं शेषः इति सूत्रेण णिच् प्रत्ययः आर्धधातुकसंज्ञकः. णिचः विधानम् आर्धधातुकप्रक्रियायाम् आयाति. णिचः विधानम् आर्धधातुकप्रक्रिया एव. आर्धधातुकप्रक्रिया इति कारणतः इडागमविचारः करणीयः. इडागमविचारं कर्तुमिच्छामः. प्रक्रिया तु आर्धधातुकप्रक्रिया. किमर्थं चेत् णिच् तिङ्क्षित् नास्ति, आर्धधातुकसंज्ञकप्रत्ययः. आर्धधातुकप्रक्रियायां णिचः विधानं भवति, अतः इडागमविचारः करणीयः. णिच् प्रत्ययः सेट् वा अनिट् वा वदतु. णिच् प्रत्ययः सेट् प्रत्ययः वा अनिट् प्रत्ययः वा?
णिच् प्रत्ययः अर्धधातुक अस्ति. अर्धधातुक सेड् वलादेः इति सूत्रेण आदिं वर्णः अत्र इ एव इकारः अवशिष्यते, अतः अनिट् अस्ति. वल् प्रत्याहारस्य वर्णः नास्ति. अस्तु अस्तु, आम्
भगिनी उक्तवती एव, णिच् प्रत्ययस्य अनुबन्धलोपानन्तरम् इ अवशिष्यते, इकारः अवशिष्यते. इकारः वलादिः नास्ति. आर्धधातुकस्येड् वलादेः इति सूत्रेण इकारः स्वरवर्णः वल् प्रत्याहारे नास्ति, वलादिवर्णः नास्ति इकारः. अतः णिच् इति प्रत्यये इडनुकूलता नास्ति. णिच् प्रत्ययः इडनुकूलः नास्ति. णिचि इडागमयोग्यत्वं नास्ति. णिच् प्रत्ययः अनिट् प्रत्ययः. णिच् प्रत्ययस्य विधानसमये इडागमः न भवति. पठ् धातुतः पाठि इति नूतनधातोः निर्माणं भवति खलु. पाठि इत्यत्र इकारः श्रूयते. सः इकारः इडागमात् न आगतः. सः इकारः णिच् प्रत्ययस्य इकारः. पठ् धातुतः पाठि इति नूतनधातोः निर्माणं भवति. तत्र अन्ते इकारः श्रूयते चेदपि सः इकारः इडागमस्य इकारः नास्ति. तत्र इकारः णिच् प्रत्ययस्य भागः. णिच् प्रत्ययः अनिट् प्रत्ययः. अपि च सनादिप्रत्ययेषु अन्यतमः सन् इति प्रत्ययः अस्ति. सन् प्रत्ययस्य योजनेन सन्नन्तरूपं साधयितुं शक्नुमः. सन् प्रत्ययः अपि तिङ्क्षित् नास्ति. तिङ्क्षु अन्यतमः नास्ति सन्, षित् अपि नास्ति. अतः आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकसंज्ञकः. सन् प्रत्ययः आर्धधातुकसंज्ञकः. इत्युक्ते सनादिधातुप्रत्ययानां प्रसङ्गे अपि सः प्रत्ययः सार्वधातुकः वा आर्धधातुकः वा इति चिन्तनं भवति इति वक्तुमिच्छामि. सन् प्रत्ययः आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकसंज्ञकः. अतः सन् प्रत्ययस्य विधानम् अपि आर्धधातुकप्रक्रियायाम् आयाति. सन्नन्तरूपं साधयितुमिच्छामश्चेत् सा प्रक्रिया आर्धधातुकप्रक्रिया भवति. आर्धधातुकप्रक्रिया अस्ति इति कारणतः इडागमविचारः करणीयः. सन् प्रत्यये इडागमः भवति वा न वा? नीलं भगिनी वदतु. सन् प्रत्ययः इडनुकूलः वा न वा?
सन् प्रत्ययः तत्र सकारः अवशिष्यते. सकारः वल् प्रत्याहारे आयाति, अतः इडनुकूलः अस्ति.
उत्तमम्. सन् प्रत्ययः सकारादिप्रत्ययः अस्ति. दन्त्यसकारः वलादिः अस्ति, इत्युक्ते वल् प्रत्याहारे अस्ति. अतः सन्नन्तरूपेषु इडागमः भवति वा न वा इति चिन्तनीयम्. इडागमः कदा भवति? धातुः अपि सेट्, प्रत्ययः अपि सेट् भवति चेदेव इडागमः भवति. तत्र धातोः अपि इडनुकूलता वर्तते वा इति द्रष्टव्यम्. सन् प्रत्ययः तु इडनुकूलः एव. तत्र धातोः अपि आनुकूल्यम् अस्ति वा इति द्रष्टव्यम्. तदानीमेव इडागमः भवति. कानिचन इडागमसहितरूपाणि मम पुरतः सन्ति. सन्नन्तरूपाणि जिगमिषति, चिखादिशति, पिपठिषति इत्यादिषु इकारः श्रूयते सन्नन्तरूपेषु. पिपठिष इति नूतनधातुः, जिगमिष इति नूतनधातुः. सन्नन्तरूपेषु द्वित्वं भवति. संयङ्गोः इति सूत्रेण द्वित्वकार्यं भवति. अपि च तत्र एकं सूत्रमस्ति, पूर्ववत् सनः इति सूत्रमस्ति. साधारणतया इदं सूत्रं कार्यं करोति, औत्सर्गिकसूत्रं पूर्ववत् सनः. अपवादाः तु सन्ति एव. पूर्ववत् सनः इति सूत्रेण औपदेशिकधातुः आत्मनेपदि चेत् सन्नन्तधातोः परमपि आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति. औपदेशिकधातुः परस्मैपदी धातुः अस्ति चेत् सन्नन्तधातोः परमपि परस्मैपदप्रत्ययः एव आयान्ति. तदर्थमेव तत् सूत्रमस्ति, पूर्ववत् सनः सनादिप्रत्ययानां योजनेन नूतनधातोः निर्माणं भवति. विशेषतया सन् इति प्रत्ययः सेट् प्रत्ययः, इडनुकूलप्रत्ययः. सनन्तरूपाणां चिन्तनम् आर्धधातुकप्रक्रियायाम् अन्तर्भूतमस्ति. सनादिप्रत्ययाः द्वादश सन्ति. केचन प्रत्ययाः धातुभ्यः विधीयन्ते, केचन सनादिप्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते. क्विप् इति प्रत्ययः प्रातिपदिकेभ्यः विहितः भवति. यङ् यक् आय् एते प्रत्ययाः धातुभ्यः विधीयन्ते. सन् णिच् एते प्रत्ययाः धातुभ्यः विधीयन्ते इति मुख्या वार्ता. धातोः इति अधिकारः द्विवारम् अस्ति. धातोः इति एकम् अधिकारसूत्रं. धातोरेकाचो हलादेः क्रियासमभिहारे यङ् यङ्गन्तरूपसिद्धौ तत् सूत्रमायाति. इत्युक्ते यङ् प्रत्ययस्य विधानार्थम् अनेन द्वितीयसूत्रेण यङ् प्रत्ययः धातुतः विहितः भवति. अहं पूर्वमपि उक्तवती, विकरणप्रत्ययाः द्विधः भवन्ति. लकारनिमित्तिकविकरणप्रत्ययाः, गणनिमित्तिकविकरणप्रत्ययाः. आहत्य विंशतिः विकरणप्रत्ययाः सन्ति. विकरणप्रत्ययाः तिङ्गः न सन्ति, कृत्प्रत्ययाः भवितुं नार्हन्ति. विकरणप्रत्ययानां विधानं कृदतिङ् सूत्रात् पूर्वं भवति. इत्युक्ते विकरणप्रत्ययानां विधानार्थं सम्बद्धानि सर्वाणि सूत्राणि कृदतिङ् सूत्रात् पूर्वं सन्ति. इत्यतः एते कृत्प्रत्ययाः अपि भवितुं न अर्हन्ति इति विषयः. इदानीं वयं तिङ्प्रत्ययानां प्रसङ्गे चिन्तनं कुर्मः. तिङ्प्रत्ययाः कतिधा विभज्यन्ते? तिङ्प्रत्ययाः कति प्रकारकाः? सुन्दरमहोदय, भवान् वदतु.
किं प्रत्ययः?
तिङ्प्रत्ययाः कति प्रकारकाः?
तिङ्प्रत्ययाः न जानामि भगिनि,
चित्रं पश्यतु.
तिङ्प्रत्ययाः चित्रं पश्यामि. तिङ्प्रत्ययः आर्धधातुकः सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः वा?
भवान् जानाति चेत् वदतु. अत्र तिङ्प्रत्ययाः द्विधा भवन्ति, सार्वधातुक तिङ्प्रत्ययाः, आर्धधातुक तिङ्प्रत्ययाः.
तिङ्क्षित् यदि तिङ्क्षित् अस्ति चेत् ते सार्वधातुकप्रत्ययाः सन्ति. यदि तिङ्क्षित् नास्ति चेत् आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकप्रत्ययाः सन्ति.
तथा नास्ति, इतोपि स्पष्टतया ज्ञातव्यम्. चित्रं पश्यन्तु, तिङ् इति लिखितमस्ति. तिङ् प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाः भवन्ति. तिङ् प्रत्ययः इत्युक्ते तिङ्क्षित् सार्वधातुकं सूत्रेण सार्वधातुकाः भवन्ति खलु. सर्वे तिङ् प्रत्ययाः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकाः भवन्ति. किन्तु किमर्थम् आर्धधातुकाः इति लिखितमस्ति? तिङ्क्षित् सार्वधातुकं सूत्रेण तिङ् प्रत्ययाः सार्वधातुकाः इति पठितमेव. इत्युक्ते तिङ् प्रत्ययस्य सार्वधातुकत्वम् आर्धधातुकत्वं कथं निर्णीयते? तिङ् प्रत्ययानाम् आर्धधातुकत्वमपि अस्ति इति वयं पठितवन्तः. नीलं भगिनी एकवारं स्मारयतु, तिङ् प्रत्ययस्य सार्वधातुकत्वं तु अस्ति एव, किन्तु आर्धधातुकः इति किमर्थं लिखितम्?
तत्र सूत्रद्वयेन तत्र आर्धधातुकं तिङ् प्रत्ययः आर्धधातुकं भवति इति, तत्र लिट् च अपि च आशीर्लिङ्गि. सो लिट् लकारस्य विवक्षा अस्ति चेत् तत्र यः तिङ् प्रत्ययः लकारस्य स्थाने आयाति ते आर्धधातुकसंज्ञकः भवति लिट् च इति सूत्रेण. तथैव लिङ्गाशीषि इति सूत्रेण तत्र आशीर्लिङ्ग्लकारे तत्र ये लकारस्य स्थाने तत्र अष्टादश प्रत्ययः आयाति तेषां संज्ञा अपि आर्धधातुकम् इति भवति लिङ्गाशीषि च इति सूत्रेण.
उत्तमं, तत् स्मर्तव्यम्. तिङ्क्षित् सार्वधातुकं सूत्रेण तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः एव औत्सर्गिकतया, वस्तुतः मूलस्थित्याम् औत्सर्गिकतया तिङ् प्रत्ययाः सार्वधातुकाः एव. किन्तु कैश्चित् अपवादसूत्रैः केषुचित् लकारेषु तिङ् प्रत्ययाः आर्धधातुकत्वं प्राप्नुवन्ति. इत्युक्ते तिङ् प्रत्ययाः सार्वधातुकाः सन्ति चेदपि अपवादसूत्रैः केषुचित् लकारेषु आर्धधातुकाः भवन्ति. तिङ् प्रत्ययस्य आर्धधातुकत्वं केषु केषु लकारेषु कथं सिध्यति इति भगिनी बहु सम्यक् उक्तवती. केषु केषु लकारेषु तिङ् प्रत्ययस्य अर्धधातुकत्वं कथं सिध्यति, केन सूत्रेण सिध्यति इत्युक्ते तिङ् प्रत्ययः सार्वधातुकः चेदपि तस्य अर्धधातुकत्वम् अपवादसूत्रद्वयेन लकारद्वये तिङ् प्रत्ययाः अर्धधातुकत्वं प्राप्नुवन्ति. लिट् लकारे तिङ् प्रत्ययाः लिट् च सूत्रेण अर्धधातुकत्वं प्राप्नुवन्ति. आशीर्लिङ्गलकारे अपि लिङ्गाशीषि सूत्रेण तिङ् प्रत्ययाः अर्धधातुकत्वं प्राप्नुवन्ति. अत्र भ्रमः मास्तु, लकाराः भिन्नाः, तिङ् प्रत्ययाः भिन्नाः, द्वयोर्मध्ये भेदः अस्ति. दशलकाराः सन्ति, दशलकारेषु चत्वारः लकाराः सार्वधातुकाः. लकाराः भिन्नाः, तिङ् प्रत्ययाः भिन्नाः. तिङ् प्रत्ययाः तु वस्तुतः मूलस्थित्यां सार्वधातुकाः, तिङ्क्षित् सार्वधातुकं सूत्रेण. किन्तु अपवादसूत्रद्वयेन लकारद्वये लिट् लकारे आशीर्लिङ्ग्लकारे च द्वयोः प्रसङ्गे तिङ् प्रत्ययाः अर्धधातुकत्वं प्राप्नुवन्ति.
लुटोः इति सूत्रेण किं भवति, लृट् लकारे किं भवति, सः अपि अर्धधातुकप्रत्ययः किल? स्यतासि लुटोः इति सूत्रेण लुट् लकारे एवं लृट् लकारे अपि तत्र अर्धधातुकप्रत्ययः भवन्ति किल?
तत्र किं वक्तव्यं, त्रयः विषयाः सन्ति अत्र. तिङ् प्रत्ययाः सार्वधातुकाः, किन्तु तिङ् प्रत्ययानाम् अर्धधातुकत्वं साक्षात् पाणिनिना साधितं लकारद्वये अपवादसूत्रद्वयेन. लिट् लकारे आशीर्लिङ्ग्लकारे च द्वयोः लकारयोः प्रसङ्गे तिङ् प्रत्ययाः अर्धधातुकत्वं प्राप्नुवन्ति अपवादसूत्रेण. तादृशी स्थितिः इत्युक्ते लकारद्वये तिङ् प्रत्ययानाम् अर्धधातुकत्वं साधितं. महोदयेन यत् सूत्रम् उक्तमस्ति, स्यतासील् रूलुटोः इति एकं सूत्रमस्ति, चिलीलुङ्गि इति अन्यत् सूत्रमस्ति. एतेन सूत्रद्वयेन भिन्नं कार्यं भवति. स्यतासील् रूलुटोः इति सूत्रेण तिङ् प्रत्ययाः अर्धधातुकाः भवन्ति इति न उक्तं. तत्र किमुक्तम् अस्ति, स्यतासील् रूलुटोः इति सूत्रेण स्या इति स्वयम् अर्धधातुकप्रत्ययः, स्या इति स्वयम् अर्धधातुकप्रत्ययः, तास् इति स्वयम् अर्धधातुकप्रत्ययः, स्या इति स्वयम् अर्धधातुकप्रत्ययः. लृट्लकारे लृङ्लकारे द्वयोः लकारयोः प्रसङ्गे स्या इति स्वयम् अर्धधातुकप्रत्ययः धातु तिङ् प्रत्ययोः मध्ये प्रथमसोपाने एव आगत्य उपविशति इति कारणतः तत्र धातुः स्वयम् अर्धधातुकप्रत्ययं पश्यति. स्या इति अर्धधातुकप्रत्ययं पश्यति, धातुना अर्धधातुकप्रत्ययः दृश्यते. अतः सः लकारः इत्युक्ते लृट् लकारः अर्धधातुकलकारः भवति. एवमेव लृङ् लकारः अपि अर्धधातुकलकारः भवति. लुट् लकारे तास् इति स्वयम् अर्धधातुकप्रत्ययः धातुना दृश्यते. अतः सः लकारः लुट् लकारः अपि अर्धधातुकलकारः भवति. लृङ् लृट् लुट् एतेषां त्रयाणां प्रसङ्गे स्यतासील् रूलुटोः सूत्रं कार्यं करोति. एतेषु त्रिषु लकारेषु धातुः साक्षात् स्वयम् अर्धधातुकप्रत्ययं पश्यति, अर्धधातुकलकारनिमित्तिकविकरणप्रत्ययं पश्यति. इत्यतः ते लकाराः अर्धधातुकाः. लिट् च लिङ्गाशीषि सूत्रद्वयेन लिट् लकारः आशीर्लिङ्ग्लकारः अर्धधातुकलकारः. इत्युक्ते लकाराः भिन्नाः, तिङ् प्रत्ययाः भिन्नाः. दशलकारेषु चत्वारः लकाराः सार्वधातुकाः इति कथं वदामः इत्युक्ते सार्वधातुकलकारेषु धातुना साक्षात् तिङ् प्रत्ययः दृश्यते. लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु कर्तृर्धक सार्वधातुकप्रत्ययं निमित्तीकृत्य शपायाति कर्तरीषप् सूत्रेण. तादृशी स्थितिः चतुर्षु लकारेषु सार्वधातुकलकारेषु अस्ति. अतः चत्वारः लकाराः सार्वधातुकाः. अन्ये षट्सु लकारेषु लकारद्वये भिन्नकार्यमस्ति, चतुर्षु भिन्नकार्यमस्ति. तिङ् प्रत्ययानाम् अर्धधातुकत्वं साधितं लकारद्वये अपवादसूत्रेण इति तत्र विषयः अस्ति. यद्यपि तिङ् प्रत्ययाः सार्वधातुकाः, तेषाम् अर्धधातुकत्वं साधितवान् पाणिनिः अपवादसूत्रद्वयेन. तिङ्प्रत्ययानां प्रसङ्गे चिन्तनं भिन्नम् अस्ति, लकाराणां प्रसङ्गे चिन्तनं भिन्नं भवतु. द्वयोर्मध्ये कन्फ्यूजन् मास्तु. लकाराः भिन्नाः, तिङ्प्रत्ययाः भिन्नाः. तिङ्प्रत्ययाः लकारस्य स्थाने आयान्ति विवक्षानुगुणम्.
एकः सन्देहः भगिनि, तत्र च्ली लुङ्गि इति सूत्रेण लुङ् प्रत्ययः अपि आर्धधातुकप्रत्ययः भवति किल?
लुङ् इति लकारः अस्ति, चिलि इति प्रत्ययः अस्ति, तदपि आर्धधातुकलकारः. लुङ् लकारे चिलि इति लकारनिमित्तिकविकरणप्रत्ययः आयाति, चिलि प्रत्ययः अपि स्वयम् आर्धधातुकः. अतः धातुः साक्षात् चिलि इति आर्धधातुकप्रत्ययं पश्यति, अतः सः लकारः आर्धधातुकलकारः. विकरणप्रत्ययाः द्विधा भवन्ति खलु, गणविकरणाः लकारनिमित्तिकविकरणप्रत्ययाः. एकवारं स्मारयामि, गणविकरणप्रत्ययाः सार्वधातुकप्रक्रियायाम् आयान्ति. कर्त्रार्थकसार्वधातुकतिङ्प्रत्ययं निमित्तीकृत्य कर्तरिशप् सूत्रेण शप् इति गणविकरणप्रत्ययः आयाति, पश्चात् धातुगणम् अनुसृत्य, इत्युक्ते सः धातुः कस्मिन् गणे अस्ति इति आधारेण शपं प्रबाध्य अन्ये गणविकरणाः आयान्ति सार्वधातुकलकारेषु सार्वधातुकप्रक्रियायां. सार्वधातुकप्रक्रिया इति कथनेन सार्वधातुकतिङन्तरूपसिद्धिः, सार्वधातुककृदन्तरूपसिद्धिः अपि इति स्मर्तव्यम्. न केवलं सार्वधातुकतिङन्तानां प्रसङ्गे, सार्वधातुककृदन्तानां प्रसङ्गे अपि गणविकरणचिन्तनं भवति. गणविकरणप्रत्ययः आयाति धातुगणम् अनुसृत्य सार्वधातुककृदन्तानां प्रसङ्गे अपि शपायाति, शपं प्रबाध्यान्ये गणविकरणाः अपि आयान्ति. उदाहरणार्थं शत्रन्तानां प्रसङ्गे, शाणजन्तानां प्रसङ्गे अपि गणविकरणचिन्तनं करणीयम्. एतावत्पर्यन्तं तिङ्प्रत्ययानां प्रसङ्गे चिन्तनं कृतवन्तः. इदानीं वयं कृत् प्रत्ययानां चिन्तनं कुर्मः चेत्, कृत् प्रत्ययाः कतिधा विभज्यन्ते, कृत् प्रत्ययाः कति प्रकारकाः, अत्र चित्रं पश्यन्तु. वीणा भगिनी भवती वदतु, कृत् प्रत्ययाः कति प्रकारकाः?
कृत् प्रत्ययाः प्रधानतया सार्वधातुक अर्धधातुक भवन्ति. तत्र पुनः सार्वधातुक पित् भवति, अपित् भवति.
कृत् प्रत्ययाः सार्वधातुकाः अर्धधातुकाः इति लिखितमस्ति, इत्युक्ते कृत् प्रत्ययानां द्वैविध्यमस्ति. सार्वधातुक कृत् प्रत्ययान् वदतु.
सार्वधातुक कृत् प्रत्ययाः,
कृत् प्रत्ययाः षित् प्रत्ययाः सन्ति चेत् सार्वधातुकाः भवन्ति खलु?
आम् आम् आम्.
अहं वदामि वा भगिनि?
वदतु.
नवप्रत्ययाः सन्ति ये कृत् सार्वधातुकप्रत्ययाः. शत्रुशानच् शानन् चानश् हश्येश् शध्यै शध्यैन् इति सर्वे प्रत्ययाः यस्मिन् श इत्यस्य इत्संज्ञा भवति, षित् प्रत्ययाः, ते सर्वे कृत् प्रत्ययाः सार्वधातुकप्रत्ययाः.
उत्तमम्. ये प्रत्ययाः षितः सन्ति ते सार्वधातुकाः. कृत् प्रत्ययानां प्रसङ्गे अत्र पश्यन्तु, कृत् प्रत्ययाः सार्वधातुकाः अर्धधातुकाः इति द्विधा विभज्यन्ते. कृत् प्रत्ययाः शितः सन्ति चेत् सार्वधातुकाः, अशितः सन्ति चेत् अर्धधातुकाः. सरलरीत्या एवं वक्तुं शक्यन्ते, इत्युक्ते येषु येषु कृत् प्रत्ययेषु शकारः इत्संज्ञकः नास्ति ते सर्वे अशितः, अशितः सन्ति चेत् अर्धधातुकाः भवन्ति इति वक्तुं शक्यते. इदानीम् अत्र तिङ्प्रत्ययाः अपि सार्वधातुकाः अर्धधातुकाः इति सन्ति खलु, अत्र सार्वधातुकप्रत्ययाः कति प्रकारकाः? सुन्दरमहोदय वदतु, सार्वधातुकप्रत्ययाः कति प्रकारकाः?
सार्वधातुकप्रत्ययाः पित् प्रत्ययाः एवम् अपित् प्रत्ययाः. सार्वधातुकप्रत्ययाः यदि पित् प्रत्ययः अस्ति चेत् ते सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवितुम् अर्हति.
सार्वधातुकप्रत्ययः पित् अस्ति चेत् गुणकार्यं भवति, सर्वत्र गुणकार्यं भवति वा?
न, तिङ्क्षित् अस्ति चेत् प्रथमं सार्वधातुकसंज्ञकः भवति, तदनन्तरं सार्वधातुकं पित् अस्ति चेत् तत्र गुणकार्यं भवति.
स्पष्टतया किं वक्तव्यं, कीदृशधातुषु सार्वधातुकार्धधातुकयोः सूत्रेण गुणकार्यं भवति?
यदि कित् ङित् ङित् णित् भिन्नः अस्ति चेत्,
अत्र मम प्रश्नः, सार्वधातुकप्रत्ययः पित् अस्ति चेत् गुणकार्यं भवति, गुणकार्यं कीदृशधातुषु कीदृश अङ्गेषु सार्वधातुक अर्धधातुकयोः सूत्रेण गुणकार्यं भवति, धातुः कीदृशः स्यात्?
तत्र धातुः इगन्तधातुः अथवा लघुपदधातुः?
न, इगन्तधातुः तावदेव खलु,
इगन्तधातुः अस्ति चेत् इगन्तस्य अङ्गस्य गुणः भवति.
उत्तमं. प्रत्ययः सार्वधातुकः पित् अस्ति चेत्, सार्वधातुकपित् प्रत्ययः परः अस्ति चेत् गुणकार्यं भवति. केन सूत्रेण? सार्वधातुक अर्धधातुकयोः सूत्रेण गुणकार्यं भवति. कीदृशधातुषु गुणकार्यं सार्वधातुक अर्धधातुकयोः सूत्रेण भवति? इगन्तधातुः अस्ति चेत्, इगन्तम् अङ्गमस्ति चेत्, इगन्तधातुरूपी अङ्गमस्ति चेदेव सार्वधातुक अर्धधातुकयोः सूत्रेण गुणकार्यं भवति. लघु इगुपधम् अङ्गम् अस्ति चेत् पुगन्तलघुपधस्य च सूत्रेण सार्वधातुकपित् प्रत्ययं निमित्तीकृत्य गुणकार्यं भवति, अङ्गकार्यं भवति. सार्वधातुकार्धधातुकयोः पुगन्तलघुपधस्य च इति सूत्रद्वयेन सार्वधातुकपित् प्रत्यये परे तत्र अङ्गमिगन्तमस्ति चेत् अथवा लघु इगुपधम् अङ्गम् अस्ति चेत् धातुः तादृशधातुः, लघु इगुपधधातुः अस्ति चेत् पुगन्तलघुपधस्य च सूत्रेण अङ्गकार्यं गुणकार्यं भवति, प्रत्ययः सार्वधातुकपित् प्रत्ययः अस्ति चेत्. इदं सूत्रद्वयम् अङ्गाधिकारे अस्ति, तत्र अङ्गस्य इति अधिकारसूत्रमस्ति, तस्मिन् अधिकारे सार्वधातुकार्धधातुकयोः पुगन्तलघुपधस्य च इदं सूत्रद्वयम् अस्ति. सार्वधातुकपित् प्रत्यये परे गुणकार्यं भवति इति तु सत्यं. सार्वधातुक अपित् प्रत्यये परे किं भवति? सुन्दरमहोदय वदतु.
सार्वधातुक अपित् प्रत्यये परे गुणनिषेधककार्यं भवति, गुणनिषेधकः भवति. सार्वधातुकम् अपित् इति सूत्रेण.
सार्वधातुकम् अपित् सूत्रं किं वदति?
यत् यत् सार्वधातुकसंज्ञकः अस्ति, सार्वधातुकप्रत्ययः संज्ञकः अस्ति, सः यदि अपित् अस्ति चेत् गुणनिषेधकं भवति इति.
नीलं भगिनी कृपया वदतु, सार्वधातुकम् अपित् इति सूत्रं कीदृशं सूत्रम्?
सार्वधातुकम् अपित् इति सूत्रम् अतिदेशसूत्रम्. तेन सूत्रेण यः प्रत्ययः सार्वधातुकम् अस्ति अपि च अपित् अस्ति तस्य स्वभावः परिवर्तते, सः निद्वद् भवति. निद्वद् भवति चेत् तत्र किनिति च इति सूत्रेण तत्र गुणकार्यं बाधितं भवति.
बहु सम्यक् भगिनि. सार्वधातुकम् अपित् इति सूत्रम् अतिदेशसूत्रम्. अतिदेशः इत्युक्ते यस्य स्वभावः तादृशः नास्ति, भिन्नस्वभावः तस्मिन् अध्यारोप्यते. यः प्रत्ययः सार्वधातुकः अपित् प्रत्ययः अस्ति चेत् तादृशप्रत्यये नित्वम् अध्यारोप्यते. सः प्रत्ययः साक्षात् नित् नास्ति चेदपि तस्मिन् प्रत्यये नित्वम् अध्यारोप्यते इति कारणतः सः प्रत्ययः नित्वत् प्रवर्तते, नित्वत् प्रवर्तते इत्यतः ख्निति च सूत्रेण गुणनिषेधः भवति. सार्वधातुकम् अपित् इति सूत्रेण अपित् प्रसङ्गे उक्तमस्ति. पित् अस्ति चेदेव खलु अपित् इति चिन्तनमपि भवितुमर्हति. अपित् इति भावना कथम् आयाति? पित् अस्ति चेदेव अपित् इति भावना अपि मनसि आयाति खलु. पित्वस्य प्रसङ्गे अष्टाध्याय्यां सूत्रं नास्ति, अपित्वस्य प्रसङ्गे एव इदं सूत्रमस्ति, सार्वधातुकम् अपित्. अनेन अतिदेशसूत्रेण नित्वम् अध्यारोप्यते. नित्वम् अध्यारोप्यते चेत् क्निति च सूत्रेण गुणकार्यं बाधितं भवति. इत्युक्ते सार्वधातुक अपित् प्रत्यये परे गुणनिषेधः भवति. सार्वधातुक अपित् प्रत्ययाः के, कति सार्वधातुक अपित् प्रत्ययाः सन्ति इति प्रश्ने सति तत्रापि द्विविधप्रकारकाः सार्वधातुक अपित् प्रत्ययाः सन्ति. उदाहरणार्थं सार्वधातुक अपित् गणविकरणप्रत्ययाः सन्ति खलु. सार्वधातुक अपित् गणविकरणप्रत्ययाः श्यन् श्ना श्नम् शा एते प्रत्ययाः शित्वात् सार्वधातुकाः श्यन् दिवादिभ्यः श्यन् शुभदा भगिनी कृपया वदतु अत्र सार्वधातुक अपित् गणविकरणप्रत्ययानां प्रसङ्गे वदतु श्यन् प्रसङ्गे वदतु दिवादिभ्यः श्यन्
तर्हि दिवादिभ्यः श्यन् इति दिवादिगणीय धातोः धातोः श्यन् इति विकरणप्रत्ययः विहितः भवति श्यन् इति इत्यस्मात् शकारस्य इत्संज्ञा भवति लशक्व तद्धिते इति सूत्रेण अपि च नकारस्य इत्संज्ञा भवति हलन्त्यमिति सूत्रेण तस्य लोपः इति सूत्रेण उभयोः लोपः भवति यकारः तिष्ठति तत्र शकारस्य इत्संज्ञा भवति इति कारणात् शित् भवति अतः सार्वधातुकप्रत्ययः भवति परन्तु तत्र पकारस्य इत्संज्ञा नास्ति इति कारणात् तत् श्यन् इति अपित् भवति अपित् अपित्वात् एतत् एषः प्रत्ययः अपित् अपित्वात्
णित्वत् भवति
णित्वत् णित्वत् व्यवहरति गुणः न भवति तेन तेन अदन्तस्य धातोः गुणः अथवा किमपि न भवति गुणः वा वृद्धिः वा न भवति
बहु सम्यक् श्यन् प्रत्ययस्य प्रसङ्गे भगिनी उक्तवती दिवादिगणीयधातूनां प्रसङ्गे दिवादिभ्यः श्यन् इति सूत्रेण श्यन् इति गणविकरणप्रत्ययः आयाति श्यन् गणविकरणप्रत्ययः कीदृशः शित्वात् सार्वधातुकः किन्तु अपित्वात् सार्वधातुकम् अपित् इति सूत्रेण णित्वत् प्रवर्तते अतः कृति च सूत्रेण श्यन् प्रत्यये परे गुणकार्यं निषिध्यते एवमेव क्रियादिगणे श्ना इति विकरणप्रत्ययः श्नम् रुधादिगणे अस्ति श्नम् विकरणप्रत्ययः अपि शित्वात् सार्वधातुकः किन्तु अपित्वात् णित्वत् प्रवर्तते अतः गुणकार्यं निषिध्यते इत्युक्ते एते गणविकरणप्रत्ययाः अपितः शप् प्रत्ययः एकः एव सार्वधातुकपित् प्रत्ययः श्यन् श्ना श्नम् शा एते प्रत्ययाः अपित् प्रत्ययाः सार्वधातुकाः सार्वधातुक अपित् प्रत्ययं निमित्तीकृत्य तत्र गुणकार्यं निषिध्यते क्निति च सूत्रेण गुणकार्यं निषिध्यते क्निति च इति सूत्रं विधिसूत्रमस्ति इत्युक्ते विधिनिषेधकसूत्रं गणविकरणानां प्रसङ्गे अपित् प्रत्ययान् वयं दृष्टवन्तः तिङ् प्रत्ययानां प्रसङ्गे अपि अपितः सन्ति खलु तिप् सिप् मिप् एते प्रत्ययाः तिङ् प्रत्ययाः तिङ् प्रत्ययाः पित् प्रत्ययाः तिप् सिप् मिप् एते त्रयः तिङ् प्रत्ययेषु अपि अपितः सन्ति नीलं भगिनी कृपया वदतु तिङ् प्रत्ययेषु अपितः
सिप् सिप् मिप् एते त्रये विहाय तत्र सर्वे अपित् सार्वधातुक अपित् प्रत्ययः एव धातु अनन्तरं तिप् सिप् मिप् आयाति चेदेव गुणकार्यं भवति अन्यथा तत्र गुणकार्यं न भवति अपित् कारणात्
उत्तमम् तिङ् प्रत्ययेषु अपि तस् झि थस् था एते प्रत्ययाः सन्ति खलु तेषु प्रत्ययेषु परेषु गुणकार्यं निषिध्यते इत्युक्ते तिङ् प्रत्ययेषु अपि पितः सन्ति अपितः सन्ति तिप् सिप् मिप् एते त्रयः पितृप्रत्ययाः अन्यप्रत्ययाः अपितः तिङ् प्रत्ययेषु अपि सार्वधातुकप्रत्ययानां प्रसङ्गे एव पित्वम् अपित्वं पित् अपित् इति चिन्तनं करणीयम् आर्धधातुकप्रत्ययानां प्रसङ्गे पित् अपित् इति चिन्तनं न कदापि भवति केवलं सार्वधातुकप्रत्ययानां प्रसङ्गे एव सः प्रत्ययः पित् अस्ति वा अपित् अस्ति वा इति द्रष्टव्यम् आर्धधातुकप्रत्ययानां प्रसङ्गे पित्वम् अपित्वम् इति चिन्तनम् अनावश्यकम् सार्वधातुकप्रत्ययः पित् अस्ति चेत् गुणकार्यं भवति अपित् अस्ति चेत् णित्वत् प्रवर्तते अतः गुणकार्यं निषिध्यते गुणनिषेधः भवति पित् अस्ति चेदेव अपित् इत्यस्य चिन्तनमपि उदेति पित् अस्ति चेदेव अपित् इति भावना अपि आगन्तुं शक्नोति आर्धधातुकप्रत्ययानां प्रसङ्गे पित् अपित् इति चिन्तनं न कदापि भवति आर्धधातुकप्रत्ययानां प्रसङ्गे किञ्चित् लिखितम् अस्ति सुन्दरमहोदय आर्धधातुकप्रत्ययाः कतिधा विभज्यन्ते वदतु
आर्धधातुकप्रत्ययाः त्रिधा विभज्यन्ते आर्धधातुकप्रत्ययाः यदि कित् ङित् अस्ति चेत् ङिति च इति सूत्रेण गुणनिषेधकः भवन्ति आर्धधातुकः यदि प्रत्ययः यदि कित् ङित् णित् ङित् भिन्नः अस्ति चेत् यदि इगन्तधातुः अस्ति चेत् सार्वधातुक अर्धधातुकयोः इति सूत्रेण इगन्तस्य अङ्गस्य गुणः भवति. यदि एवं लघुपद यदि लघुपदधातु धातोः योजनेन भवति तत्र
महोदय कित् नित् प्रसङ्गे आदौ वदतु.
कित् ङित् प्रसङ्गे यदि आर्धधातुक प्रत्ययः कित् ङित् अस्ति चेत् ङिति च किति च इति सूत्रेण गुणनिषेधकः भवति.
महोदयेन उक्तं क्निति च सूत्रेण गुणनिषेधः भवति. क्निति च इति सूत्रं गुणबाधकसूत्रं. क्निति च इत्यस्मिन् सूत्रे कित् गित् नित् इति त्रयाणां प्रत्ययानां प्रसङ्गः अस्ति. किमर्थम् अत्र केवलं कित् नित् इति एव लिखितमस्ति, गित् प्रसङ्गे किमर्थं न उक्तमस्ति? अत्र
एक एव प्रत्ययः गित् प्रत्ययः एक एव प्रत्ययः अस्ति. सामान्यरूपेण तत् न आगतवती इति कारणेन तस्य चिन्तनं मास्तु इति लिखितः. अत्र गत्सु इति तस्य नाम विस्मृतवान्. गत्सु इति एक एव प्रत्ययः अस्ति गित् प्रत्ययः. तत्कारणेन सः अन्य कुत्रापि न प्रवर्तते इति कारणेन कित् एवं ङित् एव अत्र गृहीतः. तदेव
उत्तमम्. एकः एव गित् प्रत्ययः अस्ति, घ्नु घ्नु इति एकः एव गित् प्रत्ययः अस्ति. अत्र वयं किं कुर्वन्तः स्मः, प्रत्ययानां समग्रचिन्तनं, प्रत्ययानां समग्रदृष्टिः अस्ति इति कारणतः गित् प्रत्ययः एकः एव प्रत्ययः अस्ति इति कारणतः तस्य प्रसक्तिः अत्र मास्तु इति मत्वा केवलं कित् नित् इति लिखितमस्ति अस्मिन् करपत्रे, निग्लिजिबल् इति मत्वा. आर्धधातुकप्रत्ययः कित् अथवा नित् प्रत्ययः अस्ति चेत् तदा कीदृशं कार्यं भवति? वीणा भगिनी वदतु, आर्धधातुकप्रत्ययः कित् नित् अस्ति चेत् तत्र कीदृशकार्यं भवति?
तत्र गुणनिषेधः भवति भगिनि, निति च सूत्रेण गुणनिषेधः भवति तत्र कित् नित् अस्ति चेत्.
क्ता प्रत्ययः, क्तवतु प्रत्ययः, क्त्वा प्रत्ययः, एतेषां प्रसङ्गे वदतु. अहं पदं वदामि, नी धातुः अस्ति, नी धातुतः नीत्वा इति कीदृशं रूपम्?
नीतः इति भवति, तत्र गुणनिषेधः भवति. क्तप्रत्ययः किति हा निति च सूत्रेण गुणनिषेधः भवति तत्र. तत्र इडागमस्य विषयः भवति, आर्धधातुक अस्ति चेत् इडागमस्य विचारः भवति तत्र.
नीतः इति प्रसङ्गे उक्तवती भगिनी, नी इति धातुः अस्ति, क्ताप्रत्ययः अस्ति, क्ताप्रत्ययः कित् प्रत्ययः अस्ति, नी इति धातुः इगन्तधातुः अस्ति, इगन्तधातुः अस्ति इति कारणतः सार्वधातुक अर्धधातुकयोः सूत्रेण गुणकार्यं भवति वा इति चिन्तनं करणीयं. किन्तु क्ताप्रत्ययः कित् प्रत्ययः अस्ति इति कारणतः कित्वात् क्निति च सूत्रेण गुणनिषेधः भवति इत्यतः गुणकार्यं निषिध्यते. अतः नीतः नीतम् इति क्तान्तरूपम् अस्ति. एवमेव नीत्वा क्त्वा प्रत्ययान्तरूपं नीत्वा अस्ति, तत्रापि एवमेव चिन्तनं करणीयं. क्त्वा प्रत्ययः कित् प्रत्ययः, अतः कित् प्रत्ययं निमित्तीकृत्य क्निति च सूत्राणि गुणनिषेधः भूत्वा नीत्वा तावदेव. नीतवान् तत्रापि एवमेव चिन्तनं करणीयं. क्ता प्रत्यये परे, क्तवत् प्रत्यये परे, क्तिन् प्रत्यये परे, क्त्वा प्रत्यये परे गुणकार्यं निषिध्यते. किमर्थं चेत् एते प्रत्ययाः कितः सन्ति. वीणा भगिनी भवती वदतु, आर्धधातुकप्रत्ययः इणित् णित् अस्ति चेत् किं भवति?
अहं वदामि वा?
वदतु महोदय.
यदि आर्धधातुकप्रत्ययः ङित् णित् अस्ति चेत् अजन्तधातूनाम् अचो णिति इति सूत्रेण वृद्धिः भवति. एवं यदि ङित् णित् प्रत्ययः अधुपदधातुः अस्ति चेत् अत उपधायाः इति सूत्रेण वृद्धिः भवति. द्वयोः कारणेन कारणयोः एव वृद्धिः भवति. यदि नी धातुः स्वीकुर्मश्चेत् नी धातुः अजन्तधातुः, एवं नी योगे णिच् प्रत्ययस्य योजनेन नियोगे निच् अनुबन्धलोपे सति इ एव अवशिष्यते नि नै वृद्धिः भूत्वा नि धातुः अजन्तधातुः एवं णित् प्रत्ययः णिच् प्रत्ययः णित् प्रत्ययः अस्ति इति कारणेन सः वृद्धिः वृद्धिरूपं सिद्ध्यति एवं नै नै इति भवति नै नै योग्य नै एचो अयवायवः इति सूत्रेण नाय् भवति नाय् योग्य इ नाययति इति नायि इति आतिदेशिक रूपं सिद्ध्यति तदनन्तरं नायि योगे शप् योगे ति नायि योगे अयोग्यति नायि नाययति इति अन्तिमं रूपं सिद्ध्यति.
बहु सम्यक्, तदेव नी धातुः ईगन्तधातुः एव. किन्तु अत्र किं वक्तव्यं, नी धातुः अजन्तधातुः इति स्वीकर्तव्यं. नी धातुः ईगन्तधातुः अजन्तधातुः अपि खलु. सार्वधातुकार्धधातुकयोः इत्यस्मिन् सूत्रे ईगन्तमङ्गमस्ति चेत् गुणः भवति इति उक्तमस्ति. किन्तु अत्र नीति ईगन्तमङ्गमेव, किन्तु अचोयिणिति इति अपवादसूत्रेण सार्वधातुकार्धधातुकयोः इति सूत्रं प्रबाध्य अचोयिणिति इति सूत्रेण अजन्तमङ्गम् अस्ति इति कारणतः धातोः अन्तिमवर्णस्य वृद्धिः भवति. परिभाषासूत्राणि स्मर्तव्यानि अचोयिणिति इति सूत्रस्य प्रसङ्गे. परिभाषासूत्राणि येन विधिस्तदन्तस्य ज्ञातव्यम्, अलोन्त्यस्य इति सूत्रं ज्ञातव्यम्. तृतीयं सूत्रं किमस्ति? सार्वधातुक अर्धधातुकयोः प्रसङ्गे इको गुणवृद्धिसूत्रम् आयाति. किन्तु मिदेर्गुणः नास्ति अचोयिणिति इत्यस्मिन् सूत्रे. कस्य वर्णस्य वृद्धिः भवति इति ज्ञातव्यं. तदवगन्तुम् अलोन्त्यस्य इति सूत्रम् आवश्यकमस्ति, अपि च येन विधिस्तदन्तस्य इति परिभाषासूत्रमपि आवश्यकम्. अचोयिणिति सूत्रस्य प्रसङ्गे अग्रिमे वर्गे चिन्तनं करिष्यामः. अत्र महोदयेन यदुक्तमस्ति नाययति इति रूपं साधितवान्, नायि इति णिजन्तधातुं साधितवान् सः. नी धातुतः नायि इति णिजन्तधातुः नाययति इति णिजन्तं लटिरूपम् अस्ति. णिच् प्रत्ययः णित् प्रत्ययः, नायकः इत्यत्रापि एतादृशं चिन्तनमेव भवति. नी धातुतः नायः इति रूपम् अस्ति घञन्तरूपं, तत्रापि एतादृशं चिन्तनमेव भवति. नि इति अजन्तधातुः इति कारणतः अत्र सार्वधातुक अर्धधातुकयोः सूत्रं प्रबाध्य अचोयिणिति इति सूत्रेण णिति इणिति प्रत्यये परे अन्तिमवर्णस्य वृद्धिः भवति. अलोन्त्यस्य इति परभाषासूत्रम् आगत्य तत्र वदति अन्तिम अच् वर्णस्य वृद्धिः भवतु इति वदति. नी धातुतः नाययति नायकः. एवमेव भूधातुः अस्ति चेत् भावयति, भावः, भावकः इत्यादीनि रूपाणि सन्ति. भावयति इति णिजन्तरूपं, भावः घञन्तरूपं, भावकः णुवुल् रूपम् अस्ति. इत्युक्ते अजन्तमङ्गमस्ति चेत् अचोयिणिति इति सूत्रम्. उपधायां ह्रस्व आकारः अस्ति चेत् णित् इणित् प्रत्यये परे अङ्गस्य वृद्धिः भवति. एतदवगन्तुं पठ् धातुतः पाठः घञन्तरूपमस्ति. घञ् इति कथनेन तत्र चवर्गीय अन्तिम अनुनासिकव्यञ्जनम् इति संज्ञकः अस्ति घञ् इत्यस्मिन्. इणित् प्रत्ययः, अतः तादृशप्रत्यये परे पठ् इति धातौ ठकारात् पूर्वम् उपधायां ह्रस्वकारः अस्ति, अतः अत उपधायाः इति सूत्रेण इणित् णित् प्रत्यये परे अङ्गस्य वृद्धिः भवति. सूत्रप्रसङ्गे अग्रिमे सप्ताहे परिशीलयामः. तत्र परिभाषासूत्राणि कानि इति अपि ज्ञातव्यम्. अङ्गं कीदृशं भवेत्? अचः अङ्गम्, अचः अङ्गस्य इत्यत्र अचः अङ्गस्य द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. तत्र इतोपि किञ्चित् चिन्तनम् अस्ति. ईणित् नित्यप्रत्यये परे वृद्धिकार्यं भवति. तृतीयप्रकारकप्रत्ययः कीदृशप्रत्ययः अस्ति आर्धधातुकप्रत्ययः? महोदय भवान् एव वदतु.
कित् ङित् णित् ङित् भिन्नः प्रत्ययः यदि आर्धधातुकप्रत्ययः अस्ति चेत् इगन्तधातोः अङ्गस्य इगन्तधातोः अङ्गस्य गुणः भवति सार्वधातुक आर्धधातुकयोः इति सूत्रेण इगन्तस्य अङ्गस्य गुणः भवति. एवं यदि उपधायां लघु इक् वर्णः अस्ति चेत् तत्रापि गुणः भवति. पुगन्तलघुपदस्य च इति सूत्रेण उपधावर्णस्य अङ्गस्य गुणः भवति. तदेव द्वितीय द्वे मार्गद्वयेन तत्र गुणः भवति. यदि कित् ङित् ङित् णित् भिन्नः आर्धधातुकप्रत्ययः अस्ति चेत् तादृशं भवति.
नीलं भगिनी, भवत्याः अवगमनं किम्? प्रत्ययः कित् ङित् ङित् णित् भिन्नः आर्धधातुकप्रत्ययः
कित् ङित् भिन्नः अस्ति चेत् तत्र गुणः न बाधितम् अस्ति, वृद्धिकार्यं न भवितुम् अर्हति. तत्र सार्वधातुक अर्धधातुकयोः इति सूत्रेण अजन् यः इगन्ताङ्गम् अस्ति चेत् गुणकार्यं भवति. उपधायां ह्रस्व इक् वर्णः अस्ति चेदपि गुणकार्यं भवति. तत्र तत्र वृद्धिकार्यं न भवितुम् अर्हति.
गुणनिषेधः न भवति, वृद्धिकार्यमपि न भवति. लघुपदमङ्गम् अस्ति चेत् गुणकार्यं भवति पुगन्तलघुपदस्य च सूत्रेण. सार्वधातुकार्धधातुकयोः सूत्रेण गुणः भवति इति अवगन्तुं कित् ङित् 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 भिन्नप्रत्ययं वदामि. ल्युट् ल्युट् इति प्रत्ययः अस्ति. भवती वक्तुमिच्छति वा? नी धातुतः नयनम्
ल्युट् प्रत्ययः योजयामः चेत् तत्र लकारस्य लशकु अतदिते इति सूत्रेण इत्संज्ञा भवति. ल्युट् टकारस्य इत्संज्ञा हलन्त्यम् इति सूत्रेण भवति. तत्र यु अवशिष्यते. अनन्तरं तत्र एकम् अन्यत् सूत्रम् आयाति युवोर् नाको. तत्र यु इति स्थाने तत्र अन इति आदेशः भवति. सो तत्र धातु किं भगिनि? नी नियोग यु कुर्मः चेत् इदानीम् अस्मिन् सोपाने तत्र कित् नास्ति, नित् नास्ति, णित् नास्ति, णित् नास्ति. अतः अत्र आर्धधातुकं तृतीयप्रकारकः आर्धधातुकं प्रत्ययः अस्ति. अतः अत्र गुणकार्यं सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणकार्यं भवति. नी ने भवति. ने योग अण कुर्मः चेत् तत्र अनन्तरं एचोयवायावः इति सूत्रेण तत्र एच् प्रत्याहारस्य एकारस्य तत्र ऐ इति आदेशः भवति. परे अकारः तत्र परे तत्र अण इति अ अस्ति चेत् तत्र एचोयवायः इति सूत्रस्य प्रसक्ति. सो नय नय नयन् यु अन् नयन् नयन इति प्रातिपदि कृदन्तम् अनन्तरं तत्र नयनम् इति रूपं भवति नपुंसकलिङ्गे.
उत्तमं. नीधातुः इगन्तधातुः. नीधातोः परं कित् ङित् 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 भिन्नः प्रत्ययः अस्ति. ल्युट् प्रत्ययः कित् ङित् 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 भिन्नः. अतः नीधातुः इगन्तधातुः. अतः सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणकार्यं भूत्वा नी ने भवति. तस्मात् परम् अन्यानि कार्याणि भूत्वा नयनम् इति ल्युडन्तरूपं सिद्ध्यति नी धातुतः. एवमेव लिख् धातुतः लेखनम्. लेखनम् इति ल्युडन्तपदमस्ति. लिख् धातुः लघु इगुपधधातुः. लेखनं साधयतु भगिनि. नीलं भगिनि,
लिख् धातु अस्ति चेत् तत्र लिख् लघु उदुपदधातु अस्ति चेत् उपधायां ह्रस्व इक् वर्णः अस्ति चेत् तत्रापि ल्युट् प्रत्ययः परे पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं भवति. परन्तु लिख् धातुः अस्तु, अत्र लिख् धातु तु सेट् अस्ति, परन्तु यः ल्युट् प्रत्ययः अस्ति तस्य यः आदेशः यु स्थाने अन इति आदेशः भवति. सो धातुः प्रत्ययस्य यः अनिट् अपि च सेट् स्वभावः अस्ति सः आदेश अनन्तरम् एव तत्र द्रष्टव्यम्. अत्र अकारः अस्ति चेत् ल्युट् प्रत्ययः अनिट् अस्ति, अतः अत्र इडागमः न भवति. अत्र केवलं गुणकार्यं भवति, लिख् लेख् भवति.
वल्प्रत्यहारे यकारं विहाय इति, वल्प्रत्यहारे यकारः नास्ति इत्यतः ल्युट् प्रत्ययः अनिट् प्रत्ययः आर्थधातुकप्रत्ययः. वल्प्रत्यहारे यकारः नास्ति, अनुबन्धलोपे सति या अवशिष्यते यकारः वलि नास्ति. इदानीम् अत्र लिखिति धातुः अस्ति, इगोपधधातुः अस्ति, तस्मात् परं कित् नित् इणित् नित् भिन्नप्रत्ययः ल्युट् प्रत्ययः अस्ति. वदतु.
कित्नित् नित् नित् भिन्नप्रत्ययः अस्ति, अतः अत्र गुणकार्यं भवितुम् अर्हति. सो अत्र लिख् लेख् भवति, उगन्तलघुपदस्य च इति सूत्रेण लिख् लेख् भवति. लेखयोग अनकुर्मः चेत् तत्र वर्णमेलनेन लेखन इति कृदन्तम्, अनन्तरं लेखनम् इति प्रातिपदिकम्.
लेखन इति प्रातिपदिकमस्ति. ल्युडन्तपदानि नपुंसकलिङ्गपदानि भवन्ति इत्यतः लेखनम्, अपि च प्रक्रिया चतुर्विधा भवति इति लिखितमस्ति. इत्युक्ते सार्वधातुकप्रक्रिया, सार्वधातुकप्रक्रियायां सार्वधातुकतिङ्गन्तरूपसिद्धिः, सार्वधातुककृदन्तरूपसिद्धिः अपि ज्ञातुं शक्नुमः. आर्धधातुकप्रक्रियायाम् आर्धधातुकतिङ्गन्तरूपसिद्धिः, आर्धधातुकक्रुदन्तरूपसिद्धिः अपि भवति. तृतीया प्रक्रिया अस्ति सुबन्तप्रक्रिया. सुबन्तप्रक्रियायां प्रातिपदिकात् सुप्रत्ययं योजयामः, स्त्रीलिङ्गरूपाणां सिद्धिः सुबन्तप्रक्रियायाम् अन्तर्भूतं भवति. स्त्रीलिङ्गरूपाणां रूपसिद्ध्यर्थं पृथक् प्रक्रिया नास्ति, सुबन्तप्रक्रियायाम् एव सा प्रक्रिया अन्तर्भूता. तद्धितप्रक्रिया अपि अस्ति. आहत्य अन्ततो गत्वा प्रक्रिया चतुर्विधा भवति, सार्वधातुकप्रक्रिया, आर्धधातुकप्रक्रिया, सुबन्तप्रक्रिया, तद्धितप्रक्रिया. प्रथमतया वयं सार्वधातुकप्रक्रियायाः प्रसङ्गे पठामः. इत्युक्ते लट् लोट् लङ् विधिलिङ् चतुर्णां लकाराणां चिन्तनं, पश्चात् शतृषाणजन्तरूपाणां चिन्तनं कुर्मः. पश्चादेव आर्धधातुकप्रक्रिया आरप्स्यते. अत्र सूत्राणि दत्तानि, सूत्राणां प्रसङ्गे अग्रिमे सप्ताहे किञ्चित् चिन्तनं कृत्वा अभ्यासं करिष्यामः. कालातीतः अभवत्. सर्वेषां धन्यवादाः.
धन्यवादः.